केवलम् एकस्मिन् परमात्मनि श्रद्धायाः समर्पणस्य च सन्देशदात्री गीता सकलं मानवसमाजं पवित्रं कर्तुम् अनावृत्तम् आमन्त्रणं ददाति। सृष्टौ कुत्रापि निवसताम् लब्धभौतिकभोगसुखानाम् अथवा भौतिकसुखविहीनानां कुलीनानां तथा आदिवासिनां पुण्यात्मानां पापिनाञ्च नारीणां नृणाञ्च सदाचारिणाम् अत्यन्तदुराचारिणाञ्च सर्वेषां तस्मिन् परमात्मनि वर्तते सहजः प्रवेशः। विशेषतः गीता पापिनाम् उद्धारस्य सुगमं पन्थानं प्रकाशयति। पुण्यात्मनः तु भजन्त्येव। तस्याः गीतायाः अद्वितीयव्याख्यास्वरूपायाः यथार्थगीतायाः सीडी नाम सान्द्रमुद्रिका प्रसारणस्य प्रस्तुतिः। परमात्मने नमः। यथार्थ गीता, श्रीमद् भगवद् गीता, अथ द्वितीयोऽध्यायः। प्रथमोऽध्यायः गीतायाः प्रवेशिका स्वरूपः अस्ति, यस्मिन् आरम्भादेव साधनापथं प्रस्थातुः साधकस्य पुरतः प्रतीयमानानां जटिलतानां मार्मिकं चित्रणम् अस्ति। उक्तयुद्धसन्दर्भे सर्वे कौरवाः पाण्डवाश्च सन्ति युयुत्सुकाः, किन्तु संशयभाजनं केवलं मात्रार्जुनो दृश्यते। अर्जुनः अनुरागप्रतीकः, इष्टस्यानुरूपं रागः एव। क्षेत्रक्षेत्रज्ञयोः सङ्घर्षाय पथिकं प्रेरयति। अनुरागः प्रथमः सोपानः। पूज्यमहाराजाः समुदीरयन्ति स्म। गृहस्थाश्रमे प्रवसतः साधकस्य चित्तं ग्लानिग्रस्तं स्यात्। अश्रुधारा वहेत्, श्लथकण्ठो भवेत्। तदा अवसेयं यदेतदेव भजनारम्भः जातः। अनुरागे पूर्वोक्ताः स्थितयः समापद्यन्ते। तस्यां स्थितौ धर्मनियमसत्सङ्गादयः भावाः सहैव वर्तिष्यन्ते। अनुरागस्य प्रारम्भावस्थायां पारिवारिकमोहः बाधां समुपस्थापयति। प्रथमं सर्वे काङ्क्षन्ति यत् तत्परमं सत्यम् अहं प्राप्नुयाम्। किन्तु यदा साधनाक्षेत्रे भवति प्रस्थानोन्मुखः, तदा पश्यति यत् पारिवारिकमधुमधुरसम्बन्धस्योच्छेदनम् अपेक्षते, तदा हताशो जायते। सः पूर्वं धर्मकर्माणि प्रति यादृशीं मान्यतां मानयति स्म, स तस्यां मान्यतायां सन्तोषम् अनुभवति। स स्वमोहं प्रमाणयितुं प्रचलितरूढीन् प्रमाणरूपेण प्रस्तौति, यथा अर्जुनः कृतवान्। कथितवान् सः कुलधर्मः सनातनः, युद्धात् सनातनधर्मस्य लोपः, कुलनाशः, स्वेच्छाचारः च प्रसरिष्यति। एतत् सर्वं पूर्वकथनम् अर्जुनस्योत्तरं नासीत्, प्रत्युत सद्गुरुसान्निध्यं प्राप्तेः पूर्वम् अङ्गीकृतं कुरीतिमात्रम् आसीत्। एतासां कुरीतिनां दृढपाशे निगृहीतो जनः पृथक् पृथक् धर्मस्य नानासम्प्रदायस्य लघुमहत्तरदलस्य बहुसंख्यक जातेरुपजातेश्च रचनां करोति। क कश्चिन् नासिका छिद्रम् रुणद्धि, कश्चित् कर्णौ छिनत्ति, क्वचित् स्पर्शतो धर्मनाशः, क्वचित् रोटिकाशनात् नश्यति धर्मः। किमत्र स्पृश्यास्पृश्य मान्यतावतामस्ति दोषः? कदापि नहि। दोषस्तु भ्रमोत्पादकानाम् एव अस्ति। धर्मनामोपरि वयं कुरीतिग्रस्ताः, तेन अस्माकं दोषः। महात्मनः बुद्धस्य समये केशकम्बलनामकः सम्प्रदायः अभवत् एकः, यस्मिन् सम्प्रदाये केशान् संवर्ध्य दीर्घतरान् कृत्वा तदनु संवर्धितलम्बायमानैः केशैः कम्बलवत् विष्टरादिसेवां विधाय केशकम्बलसम्प्रदायस्य मानदण्डं मत्वा सम्मानभाजो भवति स्म। केचन गोव्रतिकाः, केचन कुक्कुरव्रतिकाः सन्तः उदरं भरन्ति स्म। ब्रह्मविद्यया सह नैतेषां कोऽपि सम्बन्धः। सम्प्रदायाः कुरीतयः च पूर्वमेव आसन्। तत् कुरीतिमण्डलतः कस्याचित् कुरीतिग्रस्तः अर्जुनः अपि अस्ति। सः तर्कचतुष्टयं प्रस्तौति। प्रथमस्तर्कः, एवं दृशयुद्धेन सनातनधर्मः विनङ्क्षति। द्वितीयस्तर्कः, वर्णसङ्कराः प्रादुर्भविष्यन्ति। तृतीयस्तर्कः, पिण्डोदकक्रिया लुप्ता भविष्यति। चतुर्थस्तर्कः, वयं सर्वे कुलक्षयमाध्यमेन महत्तरं पापं कर्तुं समुद्यताः स्मः। ततः योगेश्वरः कृष्णः कथितवान्। सञ्जय उवाच,
तन्तथा कृपयाविष्टम् अश्रुपूर्णाकुले क्षणम् विषीदन्तमिदं वाक्यम् उवाच मधुसूदनः।
करुणाक्रान्तम् अश्रुपूर्णनयनम् विकलमानसम् अर्जुनं प्रति मधुसूदनः मोहाज्ञानापहारकं वचः कथयामास। श्रीभगवानुवाच,
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितं अनार्यजुष्टमस्वर्ग्यम् अकीर्तिकरमर्जुन।
अर्जुन, अस्मिन् विषमस्थले तवान्तःकरणे कुतः इदम् अज्ञानं समाविष्टम्? विषमस्थलपदस्य अयं भावः यत् सृष्टौ कुत्राप्यस्य उदाहरणं न मिलति। यस्याः स्थितेः लक्ष्यं परलोकपरकं स्यात्, तस्मिन् निर्विवादस्थले त्वयि कुतः मोहज्ञानोदयः? कथङ्कारम् अज्ञानम्? अर्जुनस्तु सनातनधर्मस्य रक्षार्थं बद्धपरिकरः अस्ति। किं सनातनधर्मस्य संरक्षणाय प्राणमूल्येन अपि सन्नद्धतैवाज्ञानं समुच्यते? श्रीकृष्णः कथयति, आम्, इदम् अज्ञानम् एव अस्ति। सम्भ्रान्तपुरुषैः इत्थम् आचरणं न क्वापि आचरितम्। नैतादृशमाचरणं स्वर्गप्रदमपि, न च कीर्तिकरं तथा। सन्मार्गोपरि चलितुं यो दृढतापूर्वकम् आरूढोऽस्ति तमेवार्यं कथयन्ति जनाः। गीता आर्यसंहिता अस्ति। परिवारस्य हिताय चेत् सर्वस्वार्पणम् अज्ञानं न स्यात्। तदा महापुरुषाः तदनुसरणं कर्तारः अवश्यं स्युः। यदि कुलधर्म एव अभविष्यत् सत्यं तदा स्वर्गस्य कल्याणस्य च श्रेणिः अभविष्यत्। इयं स्थितिः यशदापि नास्ति। मीरा भजनं कर्तुम् आरेभे तदा लोग कहे मीरा भई बावरी, सास कहे कुलनाशी रे। यस्य परिवारस्य कुलस्य महिम्नः संरक्षणार्थं मीरायाः श्वश्रुः क्रन्दत्यासीत्। अद्य तां कुलीनां श्वश्रुं कोऽपि न जानाति, मीराञ्चाखिलं जगज्जानाति। सच्चामुचमनेन प्रकारेण ये जनाः परिवारार्थं व्यस्ताः सन्ति तेषां कीर्तिः कियत्कालं यावत् स्थास्यति? यस्मिन् कर्मणि न कीर्तिर्न कल्याणञ्च तस्याचरणं श्रेष्ठपुरुषाः भ्रमादपि नाकुर्वन्। अतः
क्लैव्यं मास्मगमः पार्थ नैतत्त्वैरुपपद्यते क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप।
हे पार्थ, नपुंसक इव आचरणं मा कार्षीः। वस्तुतः किम् अर्जुनः क्लीब आसीत्? किं भवान् पौरुषत्वयुक्तः? नपुंसकस्तु स कथ्यते यः पौरुषहीनो भवेत्। सर्वे जनाः स्वविचारेण पुरुषार्थमेव कुर्वन्ति। कृषिवलः दिवानिशं स्वस्वेदं शोणितञ्च प्रवाह्य कृषिक्षेत्रे पुरुषार्थमेव करोति। कश्चित् व्यापारे पुरुषार्थं प्रदर्शयति, कश्चित्तु पदस्य दुरुपयोगे पुरुषार्थं प्रकटयति। आजीवनं पुरुषार्थाचरणेनापि रिक्तहस्तः प्रस्थानं करोति। एतेन सुस्पष्टं ज्ञायते यदुपरि वर्णितं कर्म पुरुषार्थकोटौ न गण्यते। शुद्धपुरुषार्थः तु आत्मदर्शनम् एव अस्ति। गार्गी याज्ञवल्क्यम् उक्तवती, नपुंसकः पुमान् ज्ञेयो यो न वेत्ति हृदि स्थितम्। पुरुषं स्वप्रकाशं तस्मानन्दात्मानम् अव्ययम्। सः पुरुषः अपि सन् नपुंसकोऽस्ति यो हृदयस्थम् आत्मानं न परिचिनोति। स आत्मैव पुरुषस्वरूपः, स्वयं प्रकाशः, उत्तमानन्दयुक्तः, अव्यक्तश्चास्ति। तस्य प्राप्तेः प्रयत्न एव पौरुषः अस्ति। अर्जुन, त्वं नपुंसकत्वं मा विधेहि, नैतत्ते योग्यम्। हे परन्तप, हृदयस्य दौर्बल्यं विहाय युद्धाय सन्नद्धो भव। आसक्तेः त्यागं कुरु, हृदयदुर्बलतैवासक्तिः बोध्या। अतः परम् अर्जुनस्तृतीयं प्रश्नं प्रस्तुतवान्। अर्जुन उवाच,
कथं भीष्ममहं सङ्खे द्रोणं च मधुसूदन इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन।
अहंकार शामक मधुसूदन अहम् संग्राम भूमौ भीष्म पितामह द्रोणाचार्याभ्याम् साकम् बाणैः कथम् योत्स्यामि। कुतो हरिसूदन तावुभौ पूज्यौ स्तः, द्वैत एव द्रोणः अस्ति, प्रभुः पृथक्, अहम् पृथक्, द्वैतस्येतद्भानमेव परमात्मप्राप्तेः प्रेरणायाश्च प्रथमं स्रोतः अस्ति। एतदेव द्रोणाचार्यस्य गुरुत्वमस्ति। भ्रमप्रतीकः भीष्मः अस्ति, यावत् भ्रमस्य सत्ता तावत् शिशवः, परिवाराः, सम्बन्धिनः सर्वे स्वकीयाः लगन्ति, इमे सन्ति आत्मीया इत्यनुभवे भ्रम एव माध्यमः अस्ति। आत्मैतानेव पूज्य मत्वा एभिः सह तुष्यति। अनुभवत्यात्मा यदयं पिता पितृव्यः, अयञ्च पितामहः, कुलगुरुश्चायम् इत्यादि। साधनायाः सिद्धिकाले गुरुन चेला पुरुष अकेला, न गुरुः न शिष्यः, केवलम् आत्मैवेकलः शिष्यते। न बन्धुर्न मित्रं गुरुर्नैव शिष्यः, चिदानन्दरूपः शिवोऽहं शिवोऽहं। यदा मनः तस्मिन् परमानन्दे विलीनं भवति तदा गुरुशिष्ययोः अभेदः जायते। इयमेव परमसिद्धा स्थितिः। गुरोः सकाशं प्राप्ते सति शिष्यगुरोः अभेदः प्रकल्प्यते। श्रीकृष्णः कथयति, हे अर्जुन, त्वं मयि निवसिष्यसि। यथा कृष्णः तथैव अर्जुनः। परमात्मा प्रापकः पुरुषः अपि तदाकारो भवति। एवं स्थितौ गुरोरपि विलयो भवति। गुरुत्वं शिष्यहृदये धारावत् प्रवहति। अर्जुनः गुरुपदं चर्मफलकं नाम ढालम् इति विधाय सङ्घर्षेऽस्मिन् प्रवृत्तितः पलायितुम् ईहते। स कथयति,
गुरुनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्षमपीह लोके, हत्वार्थकामास्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्।
एतान् योद्धुम् उपस्थितान् गुरुजनान् हत्वा लोकेस्मिन् भिक्षाद्वारा प्राप्तमन्नं भुक्त्वा जीवनयापनं श्रेयस्करमहं मन्ये। अत्र भिक्षाशब्द उदरपोषणाय द्वारे द्वारे भिक्षाग्रहणस्य वाचकः नास्ति, प्रत्युत सत्पुरुषाणां नियमभङ्गसेवया तेभ्यः कल्याणयाचनम् एव भिक्षा ज्ञेया। अन्नं ब्रह्मेति व्यजानात् इति तैत्तिरीय उपनिषत्। अन्नमेवैकमात्रं परमात्मा कथ्यते, यत् प्राप्य आत्मा चिराय तृप्तो भवति, न कदापि अतृप्तः भवति। अहं महापुरुषाणां सेवया याचनया च शनैः शनैः ब्रह्मसुधां प्राप्नुयाम्, किन्तु परिवारः अयं मा वियुज्येत्। इयमेवार्जुनस्य भिक्षान्न प्राप्तेर्कामना। संसारे बहुशः जनाः कुर्वन्ति अपि इत्थमेव। ते वाञ्छन्ति यत् पारिवारिकस्नेहसम्बन्धः मा छिद्येत्, तथा शनैः शनैः मुक्तिरपि सुलभा भवेत्। किन्तु साधनामार्गे प्रस्थातॄणां पथिकानां कृते यस्य संस्कारः परिष्कृतः विद्यते, यस्मिन् सङ्घर्षे सामर्थ्यं विद्यते, स्वभावे क्षत्रियत्वधारा प्रवाहशीला वर्तते, तस्य कृते अस्य भिक्षान्नस्य विधानं नास्ति। स्वयं कर्म न कुर्वन् याचना भिक्षा कथ्यते। गौतमबुद्धोऽपि मज्झिमनिकायस्य धम्मदायादसुत्ते भिक्षान्नम् एतद् आमिषदायादरूपेण मत्वा त्याज्यम् इति कथितवान् अस्ति। यद्यपि शरीरयापनाय सर्वे भिक्षुकाः सन्ति, एतान् गुरुजनान् व्यापाद्य किं प्राप्स्यति? अस्मिन् लोके रक्तरञ्जितं धनं रुधिरसिक्तः कामोपभोगश्च प्राप्तः भविष्यति। अर्जुनः कदाचित् विचारयति स्म यद्भजनेन भौतिकसुखेषु वृद्धिर्भविष्यति। प्रस्तुतसङ्घर्षक्लेशानुभवानन्तरम् अस्य शरीरस्य पोषकार्थसम्बद्धौ भोगौ प्राप्स्यत एव, स पुनस्तर्कयति।
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वानो जयेयो, यानेव हत्वा न जिजीविषामः तेव स्थिताः प्रमुखे धार्तराष्ट्राः।
एतदपि सुनिश्चितं न वर्तते यत् संभावितः भोगः मिलिष्यति एव। एतदपि अहं न जानामि यत् मम कृते किं कर्म श्रेयस्करम् अस्ति। कुतो हि मया यत् किञ्चित् कथितं तत् सर्वम् अज्ञाने संलिप्तम् अभवत्। एतदपि निश्चितरूपेण न ज्ञायते यद् वयं जेष्यामः ते वा जेष्यन्ति। त एव धृतराष्ट्रपुत्राः मम समक्षं सन्ति संस्थिताः, यान् हत्वा अहं जीवितुमिच्छामि। अज्ञानरूपात् धृतराष्ट्रादुत्पन्नः मोहादिः स्वजनसमूहं नाशयिष्यति, तदा अहं जीवितः अपि किं करिष्यामि? अर्जुनः पुनस्तर्कयति, सम्प्रत्यपि मया यद् अगादि कदाचित् एतदपि अज्ञानमेव, अतः प्रार्थयते।
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेता, यच्छ्रेयस्यान्निश्चितं ब्रूहि तन्मे, शिष्यस्तेहं शाधि मां त्वां प्रपन्नम्।
कायरता दोष प्रभावतो नष्ट स्वभावः धर्मतत्व विषये सर्वथा मोहित मनाः भवन्तं पृच्छामि यत् किञ्चित् सुनिश्चित रूपेण परमकल्याणकृत् भवेत् तत् साधनं मां ब्रूहि। कुतो हि अहं तव शिष्योऽस्मि, शरणागतोऽस्मि, मां साधनापथं प्रापय, मातृशिक्षां मा देहि, प्रत्युत यत्र स्खलनं भवेत् तत्र मां सम्भालय। लाद दे लदाय दे और लदाने वाला साथ चले, कदाचित् भारोद्भ्रंशेत् तदा को भारं मम पृष्ठे समारोपयिष्यति? एवं भूतं समर्पणम् अर्जुनस्य आसीत्। अत्रार्जुनः पूर्णसमर्पणम् अकरोत्। इदानीं यावत् अर्जुनः कृष्णं स्वसदृशं मन्यमान आसीत्, अनेकासु विद्यासु आत्मानं कृष्णाद् अधिकं जानाति स्म, अत्रार्जुनः स्वं लक्ष्याभिमुखं नीयमानां रज्जुं कृष्णकरयोः न्यस्तवान्। सद्गुरवः लक्ष्यसिद्धिपर्यन्तं साधकहृदयं सन्निविश्य साधकेन सहैव चलन्ति। यदि सद्गुरवः सार्धं त्यजेयुः तदा साधकाः पारं गन्तुं न सक्षमाः। तारुण्यं प्राप्तायाः कन्यायाः परिजनाः विवाहावधिं यावत् कन्यायै संयमादेः उत्तमां शिक्षां ददानाः संभालयन्ति। तथैव सद्गुरवः स्वशिष्यस्य आत्मरथे रथिरूपेण उपस्थाप्य शिष्यं प्रकृतिप्रपञ्चस्थानीयेभ्यः दुर्गमोच्चावचेभ्यः रोहावरोहेभ्यः निस्सार्य पारयन्ति। अर्जुनः निवेदयन् कथयति यद् एकम् अपरमपि कथ्यम्।
नहि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमावसपत्नमृद्धम् राज्यं सुराणामपि चाधिपत्यम्।
भूतले निष्कंटकं एकछत्रं धनधान्य संपन्नं राज्यं प्राप्य तथा स्वर्गेपि देवेन्द्र पदं प्राप्य अपि तम उपायं ज्ञातुं न शशाक यः इन्द्रियाणि शोकात् उन्मोचयितुं समर्थः स्यात्। यदि शोकः तदवस्थः एव स्थास्यति तदा युद्धार्जित धनादिकम् आदाय किं करिष्यामि? यदि युद्धादेतावत्येव उपलब्धिः तर्हि क्षमां विधेहि। अर्जुनश्चिन्तितवान् यदतः परं किमुपदेक्षति। सञ्जय उवाच
एवमुक्त्वा ऋषिकेशं गुडाकेश परन्तप नयोत्स्यैति गोविन्दम् उक्त्वा तूष्णीं बभूवः।
संजय उवाच हे राजन् मोहनिशाविजेता अर्जुनः हृदयदेशस्य सर्वज्ञं श्रीकृष्णं प्रत्येवं वदन् अब्रवीत् हे गोविन्द नाहं करिष्यामि युद्धम्। इत्युक्त्वा मौनं जग्राह। इदानीं यावद् अर्जुनस्य दृष्टिः पुराणपोषिता अस्ति यस्मिन् पुराणे कर्मकाण्डैः सह भूभोगानाम् उपलब्धेः विस्तृतं वर्णनम् अस्ति यस्मिन् पौराणिकदृष्टिकोणे स्वर्गप्राप्तिः एवोपलब्धिसर्वस्वं स्वीकृतमस्ति। यदुपरि श्रीकृष्णः प्रकाशं प्रसारयिष्यति सतर्कं खण्डनं करिष्यति। यदि इयं विचारधारा सर्वथा दोषपूर्णा वर्तते।
तमुवाच ऋषिकेशः प्रहसन्निव भारत सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः।
अतः परं हे राजन् सर्वव्याप्तान्तर्यामी योगेश्वरः श्रीकृष्णः सेनयोरुभयोरन्तरालस्थं शोकाकुलमर्जुनं स्मयन् अग्रिमवचनम् अब्रवीत्। श्रीभगवानुवाच
अशोचानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे गतासु न गतासुश्च नानुशोचन्ति पण्डिता।
हे अर्जुन येषां कृते शोकः न कर्तव्यः तेषां कृतेऽपि त्वम् अनुशोचसि। पण्डितवत् वचः च ब्रूषे किन्तु विवेकधनाः बुद्धिसम्पन्नाः पण्डितसमुदायाः त्यक्तप्राणानां विषये तथा येषां प्राणाः लसन्ति काये तेषां विषयेऽपि न चिन्तयन्ति। कुतो हि अल्पकालान्तरे तेऽपि गतप्राणा भविष्यन्ति। वस्तुतस्तु त्वं पण्डितवत् वार्तां करोषि किन्तु त्वयि ज्ञानं नावतिष्ठते।
नत्वेवाहं जातु नासं नत्वन्ने मे जनाधिपा न चैव न भविष्यामः सर्वे वयमतः परम्।
हे अर्जुन, न कोऽपि एतादृशः कालः पूर्वम् आसीत् यस्मिन् सद्गुरवः नासन्। अर्थात् अनादिकालत एव गुरूणां सत्ता सुनिश्चिता वर्तते, तथा त्वत्सदृशाः सानुरागाः शिष्याः अपि नासन् इत्यपि न चिन्त्यम्। अर्थात् प्राभवन् रजोवृत्ति संलिप्तमानसा इमे दृश्यमानाः साहंकाराः सर्वे राजानः अपि आसन्। एतदपि तथ्यं नास्ति यद् वयं पुनरग्रे चलित्वा न स्थास्यामः। एतत् जानीहि यद् गुरवः सानुरागाः शिष्याः च त्रिकालव्याप्ता वर्तन्ते। अत्र योगेश्वरः योगस्य अनादितां प्रकाशयन् भविष्येऽपि योगस्य विद्यमानतां दृढयति। मृतानां कृते शोको निरर्थकः इति सिद्धान्तं कारणसहितं श्रीकृष्णः समुवाचाग्रे।
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्तिः धीरस्तत्र न मुह्यति।
यथा जीवः शरीरेऽस्मिन् शैशव तारुण्य वार्धक्यम् इति अवस्थात्रयम् अनुभवति, तथैव अन्यानि बहूनि शरीराणि धारयति, त्यजति च मुहुर्मुहुः। अतो मृतान् अभिलक्ष्य धीराः शोकं मोहञ्च न कुर्वन्ति। कदाचित् भवान् शिशुः तदनु शनैश्शनैः तरुणो जातः, तदावस्था परिवर्तनसमये ना भवेत् मृत्युः, पुनः समायाति वृद्धावस्था। पुरुषस्त्वेकैव इत्थमेव नवशरीरधारणे न कोऽपि चिह्नं परिलक्ष्यते। शरीरस्य परिवर्तनक्रमः तावच्चलिष्यति यावत् परिवर्तनात् परं त्रिकालसत्यं वस्तु न मेलिष्यति।
मात्रा स्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः आगमापायिनो नित्याः तां स्थितिक्षस्व भारत।
हे कुन्तीपुत्र, इन्द्रियविषययोः संयोगेन सुखदुःखयोः शीतातपयोः च यद् अनुभवः भवति तत्तु सर्वथा क्षणभङ्गुरः तथा अनित्यः च। अतः भरतवंशेन अर्जुन, त्वम् अस्य परित्यागं कुरु। अर्जुनः इन्द्रियविषययोः संयोगजन्यं सुखं स्मृत्वा विकलः समासीत्। कुलधर्माः कुलगुरूणां वन्दनीयतादयः भावाः इन्द्रियाणाम् आसक्त्यन्तर्गतम् आयान्ति। इमे क्षणिकाः सत्यरहितास्तथा नाशवन्तः सन्ति। विषयाणां संयोगो न सर्वदा मेलिष्यति। नेन्द्रियेषु सदा सामर्थ्यं स्थास्यति। तस्मात् अर्जुन, त्वमेतत् सर्वं त्यज सहस्व च। उपर्युक्तोपदेशसन्दर्भे जागर्ति प्रश्नः, यदत्र किं हिमालये युद्धमासीत् यत्रार्जुनः शीतम् असहत्? उद्वा मरुभूमौ युद्धमस्ति यत्रार्जुनः प्रखरोष्णतां सहेत्? कुरुक्षेत्रन्तु समशीतोष्ण भूभागोस्ति प्रायः सर्वे जानन्ति। केवलं अष्टादशदिनं यावदभवत् सङ्ग्रामः, तेषु शीतातपयोः अनुभवस्य नावसरः प्रतीयते। वस्तुतः शीतोष्मणोः सुखदुःखयोः मानापमानयोः सहनं कस्यचित् योगिनः सामर्थ्यसाध्यं भवति। इदं हृदयदेशस्थयुद्धस्य चित्रणमस्ति। गीता बाह्ययुद्धार्थम् उपदेशं न ददाति। अयं क्षेत्रक्षेत्रज्ञयोः सङ्घर्षः कथ्यते, यस्मिन् सङ्घर्षे सर्वथा आसुरीसम्पदः शमनं कृत्वा परमात्मनि स्थितिं प्रतिष्ठाप्य दैवीसम्पदपि शान्ता भवति। यदा विकारस्य अस्तित्वमेव निरस्तः भवति तदा सजातीयप्रवृत्तयः कस्मिन्नुपरि आक्रमणं कुर्युः। अतः पूर्णत्वेन सह ता अपि शान्ता भवन्ति। अतः पूर्वं शान्तेः अवसरः न अस्ति। गीता अन्तर्देशरूपयुद्धस्य चित्रणम् अस्ति। अनेन त्यागेन किं प्राप्स्यति, लाभश्च कः? एतदुपरि कृष्ण आह।
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ समदुःखसुखं धीरं सोमृतत्वाय कल्पते।
हे पुरुषश्रेष्ठ, दुःखं सुखञ्च समानं मन्यमानः यो धीरः पुरुषः इन्द्रियविषययोः संयोगोत्थया व्यथया कदापि न व्यथितो भवति। स मृत्योः परस्य अमृततत्त्वस्य प्राप्तेः योग्यतां दधाति। अत्र श्रीकृष्णः एकस्याः उपलब्धेः अमृतस्य चर्चां कृतवान्। इतस्तु पार्थः चिन्तयति स्म यत् युद्धस्य परिणामरूपेण स्वर्गलाभो भविष्यति वा भूराज्यं प्राप्स्यति, किन्तु श्रीकृष्णः कथयति युद्धस्य प्रतिफलरूपेण न स्वर्गप्राप्तिः न च पृथिवीप्राप्तिः प्रत्युत अमृतस्य प्राप्तिर्भविष्यति। अमृतं नाम किं वस्तु विद्यते?
नासतो विद्यते भावो नाभावो विद्यते सतः उभयोरपि दृष्टोऽन्तः त्वनयोस्तत्त्वदर्शिभिः।
हे अर्जुन, असद्वस्तूनां नास्ति अस्तित्वं, कुतो हि यदसत् तन्नास्ति, यत् सत्यं तस्य त्रिकालम् अस्तित्वं न कदापि अभावः। तत् सत् न अस्तित्वहीनं भवितुम् अर्हति। अर्जुनः पृच्छति, किं भवान् भगवत्तया एवं व्याहरति? कृष्णः प्रबोधयति अर्जुनम्, अहं तु ब्रवीमि एव अनयोरुभयोरन्तरं मयि समर्पितमानसाः तत्त्वदर्शिनः अपि अवलोकितवन्तः। श्रीकृष्णः अपि अस्ति एकः तत्त्वदर्शी महापुरुषः। परमात्मनिष्ठस्य परमतत्त्वस्य साक्षात्कारं कृत्वा परमात्मनि एव रममाणाः साधकाः तत्त्वदर्शिनः समुच्यन्ते। किं सत् किञ्च असत् इति विवृणोति।
अविनाशि तु तद्विद्धि येन सर्वमिदं ततं विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति।
नाशरहितं तत्तत्त्वम् अस्ति येन इदम् अखिलं जगत् व्याप्तम् अस्ति। अस्य अविनाशिनः अव्ययस्य विनाशं कर्तुं न कोऽपि समर्थः। किन्तु अस्य अविनाशिनः अमृतस्य किं नाम, तदस्ति किम्?
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः अनाशिनो प्रमेयस्य तस्माद्युध्यस्वभारत।
अविनाशिनः अप्रमेयस्य नित्यस्वरूपस्य आत्मनः सर्वाणि शरीराणि नश्वराणि कथितानि सन्ति। अतः भरतवंशोद्भवार्जुन, त्वं युद्धं कुरु, आत्मा अमरः अस्ति, आत्मा अविनाशी अस्ति, यस्य कालत्रयेऽपि नाशः न भवति, आत्मैव सद् अस्ति, शरीरं नाशशीलमस्ति, सर्वथा अयम् असदस्ति देहः, यस्य शरीरस्य त्रिषु कालेषु अस्तित्वं न मिलति। शरीरं नाशवद् अस्ति, अतस्त्वं युध्यस्व। अनेन आदेशेन एतत् स्पष्टं न भवति यद् अर्जुनः केवलं कौरवान् मारयेत्। पाण्डवपक्षेपि शरीरधारिणः सन्ति संस्थिताः, किं पाण्डवानां शरीराणि नाशरहितानि वर्तन्ते? यदि शरीराणि नाशशीलानि सन्ति, तदा श्रीकृष्णः कस्य रक्षां कर्तुं स्थितः विद्यते? किम् अर्जुनः कश्चित् शरीरधारकः अस्ति? यच्छरीरम् असदस्ति, यस्यास्तित्वं नास्ति, यच्छरीरं विनाशाद् रोद्धुं न शक्यते, किं तावत् कृष्णः तस्य शरीरस्य रक्षणे सन्नद्धः अस्ति? यदीयं स्थितिस्तदा स कृष्णोऽपि विवेकहीनो मूढोऽस्ति। कुतो हि वक्षमाणप्रकरणे श्रीकृष्णः स्वयं कथयति यत् यः केवलं शरीरं रक्षितुं यतते, श्रमञ्च करोति, स विवेकशून्यो मूढबुद्धिः अस्ति, स पापायुः पुरुषः निरर्थकं जीवति। निष्कर्षतः अर्जुनः कः?
वस्तुतः अनुराग एव अस्ति अर्जुनः। अनुरागिणः कृते सर्वदा रथिरूपेणेष्टः सहैव निवसति। इष्टः मित्रवद् अनुरागिणः पथनिर्देशनं करोति। भवान् तु शरीरन्नास्ति, शरीरं तु आवरणमेव सन् निवासनिकेतनम् अस्ति। तस्मिन् निकेतने निवासकर्ता सानुरागः आत्मा ज्ञेयः। भौतिकयुद्धे मारणेन छेदनेन शरीराणाम् अन्तः भवति, न आत्मनः। यदा वर्तमानं शरीरं नङ्क्षति, तदात्मा द्वितीयं शरीरं धारयिष्यति। अस्मिन्नेव सन्दर्भे कृष्णेन पूर्वमुक्तं यत् येन प्रकारेण बाल्यावस्थानन्तरं तारुण्यं समायाति, तदनु वृद्धावस्थागमो भवति, तेनैव प्रकारेण आत्मा देहान्तरं प्राप्नोति। शरीरच्छेदानन्तरं जीवात्मा नूतनवस्त्रवत् नवशरीरे प्रविशति। शरीरं संस्काराश्रितं भवति, संस्कारश्च मनस्याधारितमस्ति। मन एव मनुष्याणां कारणं बन्धमोक्षयोः। मनसः सर्वथा गतिरोधः, अचलस्थिरभावेन स्थितिः तथा अन्तिमसंस्कारस्य विलयः इति सर्वमेकमेव प्रस्थानम् अस्ति। संस्कारधरातलस्य विच्छेद एव शरीरस्यान्तो बोध्यः। एनं छेत्तुं भवति आराधनायाः साधना अपेक्षिता। श्रीकृष्णः यस्य कर्मयोगः निष्कामकर्मयोगः इति नामकरणं कृतवान्। श्रीकृष्णः स्थले स्थले प्रेरयति अर्जुनं युद्धं कर्तुम्। किन्तु एकः अपि श्लोकः नैतादृशः वर्तते। यो भौतिकयुद्धानुरूपं मारणस्य छेदनस्य च प्रेरणां ददेत्। युद्धमिदं सजातीयविजातीयप्रवृत्त्योः अस्ति, अन्तरदेशस्थम् अस्ति।
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् उभौ तौ न विजानीतो नायं हन्ति न हन्यते।
यो हि जनः आत्मानं हत्याकर्ता तथा आत्मानं यो हतः मृतः वा विजानाति, तौ द्वौ न जानीतः हि आत्मानम्। कुतो ह्ययमात्मा न मारयति न म्रियते। पुनः श्रीकृष्णः पक्षममं दृढयति।
न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूय अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।
अयम् आत्मा कस्मिंश्चित् काले न जन्म गृह्णाति न च मृत्युं प्राप्नोति। कुतो ह्ययं केवलं शरीररूपं वस्त्रं परिवर्तयति। नायम् आत्मा भूत्वा अन्यत् किमपि भवितुम् अर्हति। कुतो ह्ययम् आत्मा नित्यं शाश्वतः पुरातनस्तथा अजन्माप्यस्ति। नष्टे शरीरेऽपि नायं नश्यति। आत्मैव सत्यं पुरातनं शाश्वतः सनातनश्चास्ति। कोऽस्ति भवान् इति प्रश्ने शाश्वतधर्मस्योपासक इति उत्तरमायाति। शाश्वतः कः इति प्रश्ने सदा आत्मैवेति समाधानम् आयाति। अर्थात् वयमात्मन उपासकाः स्मः। यदि भवान् आत्मपथं न जानाति तदा भवत्सविधे शाश्वतसनातननाम्नः किमपि वस्तु न वर्तते। यदि तदर्थं भवान् चिन्तां करोति तदा प्रत्याशी भवितुं योग्यः अस्ति। किन्तु सनातनधर्मी भवान् न प्रत्युत सनातनधर्मस्य नाम्ना कस्यचित् कुपथस्य अनुपालनव्यसनी भवान् वर्तते। देशे विदेशे च सर्वत्र मानवमात्रे समानरूपेणैवात्मा एकैव। अतो एक एव विश्वस्मिन् आत्मस्थितिं दापयित्रीं क्रियां ज्ञात्वा तस्याः क्रियायाः परिपालने प्रयत्नशीलश्चास्ति कोऽपि जनः, तदा स सनातनधर्म्यः अस्ति। कामं स आत्मानं मुसलमान यहूदी साईति किमपि स्वीकुर्यात्।
वेदाविनाशिनं नित्यं य एनमजमव्ययं कथं सपुरुषः पार्थ कं घातयति हन्तिकम्।
पार्थिवशरीरं रथरूपेण परिकल्प्य ब्रह्मप्राप्तिरूपे लक्ष्ये सफललक्ष्यभेदनपटो पृथार्जुन, यः पुरुषः इमम् आत्मानं नाशरहितं नित्यम् अजन्मानम् अव्यक्तं जानाति, सः पुरुषः कथं कमपि हन्तुं प्रेरयति तथा कथं कमपि हन्ति। अविनाशिनः विनाशः सर्वथा असम्भवः।
अजन्मा जन्म न गृह्णाति, अतः शरीराय शोकः न विधेयः। अमुं विषयम् उदाहरणेन स्पष्टयति।
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो पराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देहि।
यथा मनुष्यः जीर्णानि शीर्णानि प्राचीनानि वस्त्राणि परित्यज्य नूतनानि वस्त्राण्यङ्गीकरोति, सुतराम् तथैवायम् जीवात्मा प्राचीनानि शरीराणि त्यक्त्वा भिन्नानि भिन्नानि अपराणि शरीराणि उररीकरोति। उदेति प्रश्नश्चेत् जीर्णे सत्येव शरीरे जीवात्मा नूतनम् शरीरम् धारयति, तर्हि शिशवः कथम् म्रियन्ते? इदम् वस्त्रम् जीर्णात् वस्त्रात् अधिकम् विकासम् वाञ्छति, कुतो हि शिशोः शरीरम् बहुनूतनम्। समाधानमत्र शरीरस्य संस्कारपराधीनत्वम्। यदा संस्काराः शीर्णाः तथा जीर्णाः सिद्धयन्ति, तदा शैशवे तारुण्ये वार्धक्ये कस्मिन्नपि वयसि जीवात्मा शरीरं विजहाति। यदि संस्कारः शरीरे दिनद्वयस्य निवासाय परिपुष्टः वर्तते, तदा द्वितीये दिने जहाति शरीरम् आत्मा। जीर्णे जाते शरीरे जीवात्मा श्वासमात्रमप्यधिकं न जीवति। आत्मा संस्कारानुसारेण नवीनं शरीरम् आदधाति। अथ खलु क्रतुमयः पुरुषः यथा इह इव तथैव प्रेत्य भवति, कृतांलोकं पुरुषोऽभिजायते इति छान्दोग्योपनिषत्। अर्थात् उक्तोपनिषत् वचनेन अयमात्मा निश्चयरूपेण संकल्पमयोऽस्ति। अस्मिन् लोके पुरुषः यथाविधौ निश्चयवान् भवति, तथैवेतो मरणानन्तरं जायते। स्वसंकल्पेन विरचिते शरीरे पुरुषः प्रादुर्भवति। इत्थं मृत्युः शरीरस्य परिवर्तनमात्रमस्ति। आत्मा न कदापि म्रियते। पुनः आत्मनः प्रतिपादयति अमरत्वम्।
नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः, न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः।
अर्जुन, इमम् आत्मानं शस्त्राणि छेत्तुं विदारयितुं कर्तयितुं च न सन्ति समर्थानि। अग्निः आत्मानं दग्धुं नार्हः, सलिलम् आत्मानं आर्द्रयितुं न पारयति, वायुरपि न शोषयितुं शक्नोत्यात्मानम्।
अच्छेद्योयमदाह्योऽयम् अक्लेद्यो शोष्य एव च, नित्यः सर्वगतः स्थाणुः अचलोऽयम् सनातनः।
अयम् आत्मा न छेदनार्हः, नायम् कथमपि छेत्तुम् शक्यः, अदाह्योऽयमात्मा कथमपि ज्वलयितुम् नार्हः, अक्लेद्योऽयमात्मा नार्द्रयितुम् शक्यः। आकाशमपि स्वानन्तपरिक्षेत्रान्तराले न शक्नोति निलयितुम्। वस्तुत अयमात्मा असंशयमशोष्यः, सर्वव्यापकः, स्थिरः, सनातनः, अचलश्चास्ति। अर्जुनेन उक्तम् आसीत् यत् कुलधर्मः सनातनोऽस्ति।
एवं विधस्य प्रस्तुतस्य युद्धस्य विधानेन सनातनधर्मः नष्टो भविष्यति। किन्तु कृष्णः पूर्वोक्तम् अर्जुनस्य सिद्धान्तम् पूर्णरूपेण अज्ञानम् अमन्यत। आत्मैव सनातन इति कथितवान्। को भवान् इति प्रश्ने सनातनधर्मानुयायी इति उत्तरम् आयाति। कोऽस्ति सनातनः इत्यस्य उत्तरम् केवलम् आत्मा इति जानीहि। यदि त्वम् आत्मज्ञानप्राप्तेः पथः दूरीं पारयितुम् विधिविशेषम् न जानासि तदा त्वम् सनातनधर्मानभिज्ञः असि। अस्य दुष्परिणामम् साम्प्रदायिकता पाशबद्धा धर्मभीरवः सततम् भुञ्जन्ति। मध्यकालीना भारतवर्षे बहिर्देशादागन्तारः यवनाः केवलम् 12,000 संख्याङ्काः स्युः। साम्प्रतम् 28 कोटिः तेषाम् संख्या वर्तते। एतेषाम् वृद्धिरुत्तरोत्तरमधिकाधिकम् संख्याशिखरम् स्पृशेत् तर्हि का हानिः? सर्वे तु सन्ति हिन्दवः, भवताम् सहोदराः सन्ति, यवनाः स्पर्शदोषादिमे नष्टा बभूवुः। वस्तुतो हि इमे नष्टा न अभवन्, प्रत्युत तेषाम् अपरिवर्तनशीलः सनातनधर्म एव विनष्टः। यदा भौतिकक्षेत्रे प्रादुर्भूतानि वस्तूनि सनातनस्य अस्य स्पर्शमपि कर्तुम् न शक्नुवन्ति, तदा स्पर्शेन भोजनादिसम्बन्धेन सनातनधर्मः कथम् नाशमेष्यति? नायम् सनातनधर्मः प्रत्युत कुरीतिरेवासिदेका। यया कुरीत्या भारते साम्प्रदायिकम् वैमनस्यम् बह्वर्धत, देशस्य विभाजनम् अभवत्, तथा च अद्यापि राष्ट्रियैकत्वस्य समस्या यथावत् स्थिता वर्तते। एतासाम् कुरीतीनाम् कथानकेन लसितो विद्यते देशस्य इतिहासः। हमीरपुरजनपदे 50 अधिकाः परिवाराः कुलीनाः क्षत्रियाः आसन्। इदानीम् ते सर्वे सन्ति मुसलमानाः। न तेषाम् उपरि तोपाद्गुलिकाक्रमणः अभवत्, न च खड्गाक्रमणम् अभवत्। अभवत् किम्? द्वित्राः मौलवीजनाः अर्धरात्रौ ग्रामस्य निकटे कूपोपरि क्वचित् लुक्कायिताः। तदनु सर्वप्रथमम् कर्मकाण्डिनः ब्राह्मणाः समाजग्मुः स्नानार्थम्। तान् निरुध्य तेषाम् मुखावगुण्ठनम् चक्रुः। तेषाम् कर्मकाण्डी ब्राह्मणानाम् समक्षम् मौलवीजनाः कूपाज्जलम् निःसारयामासुः। पात्रे मुखम् संयोज्य तज्जलम् उच्छिष्टम् चक्रुः। पीतावशिष्टम् तज्जलम् कूपे प्रचिक्षिपुः। करपट्टिकाखण्डानपि कूपे पातयामासुः। पण्डितास्तु विवशाः सन्तः समपश्यन् तत्सर्वम्। पण्डितान् बन्दीकृत्य स्वगृहम् निन्युः, स्वगृहकक्षे रुरुधुः। द्वितीयदिवसे मौलवीगणाः सानुनयम् करबद्धम् भोजनम् कर्तुम् कर्मकाण्डिनः निवेदयामासुः। तदनु कर्मकाण्डिनः चुकुपुः, ऊचुश्च अरे मूर्खाः, यूयम् यवनाः, तथा वयम् ब्राह्मणः, कथम् त्वत्स्पृष्टम् समुच्छिष्टम् च खादितुम् शक्नुमः? यवनाः अब्रुवन्, महाराज, भवादृशानाम् विचारशीलानाम् जनानाम् मम कृते परमावश्यकता वर्तते, क्षमध्वम्। पण्डितान् मोचितवन्तः, पण्डिताः स्वग्रामम् गताः। अवलोकितवन्तश्च सर्वे जनाः कूपस्य प्रयोगं पूर्ववत् कर्तुम् आरेभिरे। ते पण्डिताः च अनशनं कर्तुं तत्पराः अभवन्। जनाः अनशनस्य कारणं पप्रच्छुः। तदा ते ऊचुः, यवनाः अस्य कूपस्य कुट्टिमे समारूढाः अभवन्। मम समक्षं यवनाः इमं कूपम् उच्छिष्टम् अकुर्वन्। कूपे च करपट्टिकाखण्डं प्रचिक्षिपुः। ग्रामीणाः स्तब्धाः बभूवुः। पृष्टवन्तश्च, साम्प्रतं किं भविष्यति? पण्डिताः प्रोचुः, किमिदानीं धर्मोस्तु नष्टो बभूव। तदानीं जनाः शिक्षिताः नासन्। स्त्रियः, शूद्राश्च अध्ययनाधिकारवञ्चिताः चिरकालादासन्। वैश्याः धनोपार्जनम् एव स्वधर्मं मन्यन्ते स्म। क्षत्रियाश्चारणानां प्रशस्तिगाने विभोराः समभवन्। यद् अन्नदातुः तरवारीणां दीप्तौ विद्युद्भाववद् अभवत् आभासः। दिल्लीसिंहासनम् आन्दोलितं जातम्। यदा प्रयासेन विनैव सम्मानप्राप्तिः, तदा कावश्यकता अध्ययनस्य? तेषां कृते धर्मतः को लाभः, का च हानिः? धर्मः केवलं ब्राह्मणानां वस्तुरूपेण स्थित्वा स्थिरः अभवत्। ते ब्राह्मणा एव धर्मसूत्राणां रचयितारः, व्याख्यातारः, सत्यासत्ययोः च निर्णेतारः बभूवुः। यद्यपि प्राचीनकाले स्त्रियः, शूद्राः, वैश्याः, क्षत्रियाः, ब्राह्मणाश्च सर्वे वेदाध्ययनाधिकारिणः आसन्। प्रत्येकं वर्गस्य ऋषिगणाः वैदिकमन्त्रान् रचयामासुः। शास्त्रार्थनिर्णये च भागं जगृहुः। प्राचीनाः राजानः धर्मस्य नामोपरि पाखण्डस्य प्रचारकान् दण्डं दद्युः। धर्मपरायणानां सम्मानं चक्रुः। किन्तु मध्यकाले भारतवर्षे सनातनधर्मस्य यथार्थरूपेण ज्ञानाभावात् ग्रामीणाः गड्डुलिकावत् एकदेशीया अभवन्। विचारितवन्तश्च यद्धर्मो विनष्टः। केचन जनाः धर्मनाशरूपम् अप्रियं समाचारं श्रुत्वा आत्महत्यां विदधुः। किन्तु सर्वे जनाः आत्महत्यां कर्तुं नाशक्नुवन्। अखण्डश्रद्धानन्तरमपि विवशाः सन्तः अपरं समाधानम् अन्वेष्टुं संलग्नाः बभूवुः। अद्यापि ते सर्वे वेणुखण्डं निखात्य, मुसलञ्च संस्थाप्य हिन्दूनामिव विवाहं कुर्वन्ति। अस्मिन्नेव अवसरे कश्चित् मौलवी इस्लामधर्मानुसारं निकाहं पाठयित्वा निर्गच्छति। पश्यन्तु, सर्वे शुद्धहिन्दवः सन्ति, किन्तु ते सर्वे मुसलमानाः अभवन्। विचारयतु, किमभवत् तदानीम्? कूपस्य मौलवीनां स्पर्शतः जलं पीतम्। अज्ञानतः यवनानां स्पृष्टम् अन्नं खादितम्। एतस्मात् एव धर्मः नष्टः। धर्मस्तु तडागादि तटोत्पन्नं लाजवन्ति लता समकक्षम् अभवत्। यथा करस्पर्शेन लाजवन्ति लता इव संकुचिता भवति, अपवारिते करे च पुनर्विकसति। लाजवन्ति यं करापसारणात् विकसिता भवति, किन्तु स्पर्शप्रभावतः धर्म एतावान् म्लानः अभवत्। यद्यापि विकसितो नाभूत्, ते मृतविवेकाः समभवन्। तेषां रामकृष्णादयः, परमात्मा च मृताः। यच्छाश्वतमासीत् तदपि मृत्युं प्राप्तः। वस्तुतः पूर्वोक्ता स्थितिः शाश्वतस्य व्यवधाने प्ररोहिताः काचित् कुरीतिः आसीत्, याम् कुरीतिम् अधुना जनाः धर्मं मन्यमानाः अतिष्ठन्। वयं धर्मस्य शरणं कथम् आश्रयामः? कुतो हि वयं मरणधर्माणः स्मः? तथा च धर्म अमरणधर्मा कश्चित् विलक्षणः पदार्थः अस्ति, यस्य शरणं गत्वा वयमपि अमराः भवेम इति कामना। आश्चर्यमेतत् यद् वयं प्रहारतो मृता भविष्यामः, धर्मश्चायं स्पर्शतः एव मृतो भविष्यति। तदायं धर्म अस्मान् कथं रक्षयिष्यति? धर्मस्तु युष्मान् पाति, बहुशक्तिसम्पन्नः च अस्ति। भवन्तः खड्गप्रहारेण मृत्युं गमिष्यन्ति। धर्मश्च स्पर्शमात्रेणैव नष्टो बभूव, कीदृशश्चायं भवतां धर्मः? कुरीतयः नश्यन्ति, न तु सनातनः। सनातनः तु एवं दृढं वस्तुः अस्ति यत् शस्त्रं न कर्तयति, अग्निः न दग्धुं शक्नोति, जलमिदं आर्द्रयितुं न समर्थः, खाद्यस्य पेयस्य तु दूरतरा स्थितिः। प्रकृतौ समुत्पन्नानि कान्यपि वस्तूनि तस्य सनातनस्य स्पर्शं कर्तुमपि न पारयन्ति, तर्हि सः सनातनः कथं विनष्टः बभूव? इत्थमेव नैकाः कुरीतयः अर्जुनकाले अपि आसन्। ताभिः आक्रान्तः अर्जुनः अपि आसीत्। स विलपन् सविनयं कथितवान् यत् कुलधर्म एव सनातनोऽस्ति, युद्धात् सनातनधर्मो नङ्क्षति। नष्टे सति कुलधर्मे चिरकालं यावदहं नरके वसिष्यामि। किन्तु श्रीकृष्णः प्रोवाच, त्वदीयम् अज्ञानं कुतः प्रादुर्भूतम्? स्पष्टमस्ति यत् सा काचित् कुरीतिः एव आसीत्। तस्मादेव कृष्णः तस्याः निराकरणम् अकरोत्, अवादित् च यत् अयम् आत्मा एव सनातनः अस्ति। यदि भवान् आत्मावबोधपथं न जानाति, तदा सनातनधर्मे भवतः सम्प्रत्यपि प्रवेशः नास्ति। यदायं सनातनः शाश्वत आत्मा सर्वेषाम् अन्तरालस्थः अस्ति, तर्हि कस्यान्वेषणं करणीयम्? अत्र कृष्णः ब्रवीति,
अव्यक्तोऽयमचिन्त्योऽयम् अविकार्योऽयमुच्यते, तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि।
अव्यक्तत्वात् अयम् आत्मा न इन्द्रियाणां विषयः। इन्द्रियाणां माध्यमेन अस्य आत्मनः सुबोधः अपि न भवितुमर्हति। यावद् इन्द्रियविषययोः संयोगः वर्तते, तावत्कालपर्यन्तम् आत्मा तु विद्यते, किन्तु आत्मनः ज्ञानं कर्तुं न शक्यते। सः अचिन्त्यः यावच्चित्तं तथा च चित्तस्य ऊर्मयः उच्छलन्ति पतन्ति च, तावत्कालावधौ सः अस्ति शाश्वतः, किन्तु अस्माकं दर्शनार्थम् उपभोगार्थं प्रवेशार्थञ्च नायमात्मा। अतश्चित्तनिरोधः कर्तव्यः। पूर्वप्रकरणे श्रीकृष्णेनोक्तं यत् कस्याप्यसद्वस्तुनः न विद्यते सत्ता, तथा च सद्वस्तुनः कालत्रयेऽपि नास्ति अभावः। तत् सत् आत्मैव, आत्मा एव अपरिवर्तनशीलः, शाश्वतः, सनातनः तथा अव्यक्तः च अस्ति। तत्त्वदर्शिभिः अयमात्मा पुरोक्त गुणधर्म सहितः समवलोकितः। आत्मानम् अमुम् न कश्चित् बहुभाषाविद् दृष्टवान्, न बहुसमृद्धिशाली कश्चित् जनः दृष्टवान्, प्रत्युत तत्त्वज्ञाः अपश्यन्। श्रीकृष्णः पूर्वम् उक्तवान् यत् तत्त्वं तु परमात्मा एव अस्ति। मनसः निरोधकाले साधकः तस्य दर्शनं, तस्मिन् प्रवेशं चाप्नोति। मनोनिरोधसिद्धौ आत्मनः बोधानन्तरं भगवत्प्राप्तिर्भवति। तदनुक्षणानन्तरमेव साधकः स्वात्मानम् ईश्वरीयगुणधर्मविभूषितं पश्यति। सो निरीक्षते यदात्मैव सत्यं सनातनः परिपूर्णं चास्ति। अयमात्मा अचिन्त्यः, अयं विकाररहितः, अपरिवर्तनशीलश्च कथ्यते। अतः अर्जुन, एवं भूतम् आत्मानं बुद्ध्वा त्वं शोकं कर्तुं योग्यः न असि। साम्प्रतं श्रीकृष्णः अर्जुनस्य विचारेषु विरोधाभासं दर्शयति, यस्तु सामान्यस्तर्कः कथ्यते।
अथ चैनं नित्यजातं नित्यं वामन्यसे मृतं तथापि त्वं महाबाहो नैवं शोचितुमर्हसि।
हे अर्जुन, यदि त्वं आत्मानं सतज्जन्म सततमरणधर्मा अपि मन्यसे, तदापि त्वया शोकः न कर्तव्यः। कुतो हि
जातस्य हि ध्रुवो मृत्युः, ध्रुवं जन्म मृतस्य च, तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।
एवं स्वीकरणे अपि जन्मवतां मृत्युः सुनिश्चितः, मृत्युप्राप्तानां च जन्मापि सुनिश्चितम्। अतोपि त्वम् उपायाद् विरहिते अस्मिन् विषये शोकं कर्तुं नार्हः। यस्य रोगस्य न वर्तते किमप्यौषधं, तदर्थं शोककरणं द्वितीयदुःखस्य आवाहनम् इव भवति।
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत, अव्यक्तनिधनान्येव तत्र का परिदेवना।
अर्जुन, सर्वे प्राणिनः जन्मतः पूर्वं शरीररहिता, मरणानन्तरमपि शरीररहिता भवन्ति। प्राणिनः जन्मतः पूर्वं परञ्च न दृश्यन्ते, केवलं जन्ममृत्योरन्तराल एव शरीरं धारयन्ते दृश्यन्ते। अतो अस्य परिवर्तनशीलशरीरस्य कृते चिन्ताकरणं निरर्थकम्। इमम् आत्मानं कः पश्यति? अतः परं कथयति।
आश्चर्यवत् पश्यति कश्चिदेनम्, आश्चर्यवद् वदति तथैव चान्यः, आश्चर्यवच्चैनमन्यः शृणोति, श्रुत्वाप्येनं वेद न चैव कश्चित्।
पूर्वं कृष्णेनोक्तमासीत् यदमुमात्मानं तत्त्वद्रष्टारः एव दृष्टवन्तः, इदानीं तत्त्वदर्शनस्य दुर्लभताम् अभिलक्ष्य प्रकाशं वितनोति। यः कश्चिद् विरलो महापुरुषः एव अमुम् आत्मानं साश्चर्यं पश्यति श्रुणोति नहि प्रत्यक्षम् अवलोकयति। तथैव अपरः कश्चित् महापुरुष एव आश्चर्यवत् आत्मनस्तत्त्वं विवृणोति। यो हि दृष्टवान् स एव यथार्थं वक्तुं शक्नोति। अपरः कश्चित् विरलः साधकः एनम् आश्चर्यवत् शृणोति। सर्वे शृण्वन्त्यपि नहि कुतो हि अयं विषयः अधिकारीणां कृते एवास्ति। केचन केचन जनास्तु एनम् आत्मानं श्रुत्वापि नावबुध्यन्ते। कुतो हि साधनं न नयति पारं साधकम्। भवन्तो लक्षाधिकं ज्ञानस्य चर्चां शृण्वन्तु, जानन्तु, लोमत्वचम् अपसार्य इव अवगच्छन्तु। लालायिता अपि स्युः, किन्तु मोहः अपरिमितबलमस्ति। क्षणानन्तरमेव भवान् स्वसांसारिकव्यथासु लिप्तो मेलिष्यति। अन्ततः श्रीकृष्णः निर्णयं ददाति।
देही नित्यमवध्योऽयं देहे सर्वस्य भारत, तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि।
अर्जुन, अयमात्मा सर्वेषां शरीरे सदैव अबाध्यः अस्ति, अच्छेद्यः अस्ति, अतः सम्पूर्णजीवानां कृते त्वं शोकं कर्तुं न योग्यः असि। आत्मैव सनातनोऽस्ति। अस्य तथ्यस्य प्रकाशनं कृत्वा, अस्य प्रभुतापूर्वकं वर्णनं कृत्वा प्रश्नः अयम् इहैव पूरितः भवति। साम्प्रतं प्रश्न उत्तिष्ठति यदस्य आत्मनः प्राप्तिः कथं भवेत्। सम्पूर्णायां गीतायाम् अस्य प्राप्तेः द्वौ पन्थानौ विद्येते। प्रथमः पन्थाः निष्कामकर्मयोगः, द्वितीयश्च ज्ञानयोगः। उभयमार्गयोः क्रियमाणं कर्म एकमेवास्ति। तस्य कर्मणः अनिवार्यतायाः उपरि अधिकं महत्त्वं ददानः योगेश्वरः श्रीकृष्णः ज्ञानयोगस्य विषये स्वविचारं प्रकटयति।
स्वधर्ममपि चावेक्ष न विकम्पितुमर्हसि, धर्म्याद्धियुद्धाश्रेयोऽन्यत् क्षत्रियस्य न विद्यते।
अर्जुन, स्वधर्मं दृष्ट्वापि त्वं भयस्य पात्रं नास्ति। कुतो हि धर्मसंयुक्तः युद्धादधिकम् अन्यं किमपि कल्याणकारकं मार्गं क्षत्रियस्य कृते न वर्तते। इदानीं यावत् आत्मास्ति शाश्वतः, आत्मास्ति सनातनः, असावेवैकमात्रं धर्मः अस्ति इति कथितं कृष्णेन। साम्प्रतम् अयं स्वधर्मः कीदृशः? धर्मस्तु एकमात्रम् आत्मा एव अस्ति, स तु अचलः स्थिरः च अस्ति, तर्हि धर्माचरणं किम्? किन्तु अस्मिन् आत्मपथि प्रवर्तितुं क्षमता प्रत्येकं व्यक्तेः पृथक् पृथक् भवति। स्वभावात् उत्पन्नेयं क्षमता स्वधर्मः कथ्यते। अस्यैकसनातनस्यात्मिकमार्गस्योपरि गमनकर्तॄन् साधकान् महापुरुषाः स्वभावतस्तेषां क्षमतानुसारेण चतसृषु श्रेणिषु विभाजितम् अकुर्वन्। शूद्रवैश्यक्षत्रियब्राह्मणाश्च साधनायाः प्रारम्भिकावस्थायां प्रत्येकं साधकः शूद्रः अर्थात् अल्पज्ञः भवति। घण्टामित समयम यावत् भजने तत्परे सत्यपि स दश मिनिट मितमपि समयम भजने न सफलयति। स प्रकृतेर माया जालम छेत्तुम समर्थः न भवति। अस्याम अवस्थायाम महापुरुषाणां सेवया तस्य स्वभावे सद्गुणाः आयान्ति, तदा स वैश्यश्रेणीकः साधकः भवितुम् अर्हति। आत्मिकसम्पदेव स्थिरसम्पदस्ति, अस्याः सम्पदः स शनैश्शनैः सङ्ग्रहं करोति। गोपालने अर्थात् इन्द्रियाणां सुरक्षाकरणे सः समर्थः भवति। कामक्रोधादिभिः इन्द्रियाणां हिंसा भवति, तथा विवेकवैराग्यादिभिः इन्द्रियाणां सुरक्षा भवति। किन्तु प्रकृतिं निर्बीजं कर्तुं क्षमता तस्मिन् न आयाति। क्रमशः उन्नतिं कुर्वन् साधकस्य अन्तःकरणे त्रयाणां गुणानां निवारणस्य क्षमता अर्थात् क्षत्रियत्वं जागर्ति। अस्मिन्नेव स्तरे प्रकृतिं प्रकृतिविकारांश्च नाशयितुं क्षमता वर्धते। अत इत एव युद्धम् आरभते। क्रमशः साधनबलेन साधकः ब्राह्मणत्वस्य श्रेण्यां परिवर्तते। अस्मिन् समये मनसः शमनम्, इन्द्रियाणां दमनम्, अनवरतचिन्तनम्, सरलतानुभवः, ज्ञानञ्चेत्यादि लक्षणजातं साधके स्वाभाविकरूपेण प्रभावितं भवति। एतेषाम् अनुष्ठानेन अग्रे चलित्वा स ब्रह्मणि प्रवेशं प्राप्नोति, यत्र सः ब्राह्मणोऽपि नावशिष्यते। विदेहराजजनकस्य सभायां महर्षिर्याज्ञवल्क्यश्चाक्रायणोऽशस्ति कहोलारुण्युद्दालकगार्गीप्रभृतीनां प्रश्नानां समाधानं विदधानः कथितवानस्ति यत् आत्मसाक्षात्कारस्य पूर्णतया सम्पादनस्य कर्तैव ब्राह्मणः भवति। अयम् आत्मा एव लोकपरलोकयोः समस्तप्राणीनामन्तरालतश्च नियन्त्रणं करोति। सूर्येन्दुपृथिवीसलिलपवनाग्नितारागणान्तरिक्षाकाशान्येवं प्रत्येकं क्षणं च अस्य आत्मनः प्रशासने स्थिताः सन्ति। अयं तवात्मा अन्तर्व्याप्तः अमृतः अस्ति। आत्मा अक्षरः अस्ति। इतो भिन्नं सर्वं नाशशीलं ज्ञेयम्। यः कश्चिज्जनः अस्मिन् लोके अक्षरम् आत्मानं न ज्ञात्वा जुहोति, तपति, सहस्रवर्षपर्यन्तं यजते, तस्य तत्सर्वं कर्मजातं नश्वरमस्ति। यः कोऽपि पूर्वोक्ताक्षरस्य ज्ञानं विना मृत्युं प्राप्य व्रजति, स दयनीयः कृपणश्चास्ति। य इमम् अक्षरमात्मानं ज्ञात्वा अस्माल्लोकान् मृतो गच्छति, स ब्राह्मणोऽस्ति इति बृहदारण्यकोपनिषत्। अर्जुनः क्षत्रियश्रेणीकः साधकः अस्ति। श्रीकृष्णः कथयति यत् क्षत्रियश्रेणीकस्य साधकस्य कृते युद्धात् अतिरिक्तं न कोऽपि कल्याणकारकः पन्थाः वर्तते। प्रश्नः जागर्ति, किं नाम क्षत्रियत्वम्? प्रायः जनाः अस्य आशयं समाजे जन्म गृहीत्वा उत्पन्नान् ब्राह्मणक्षत्रियवैश्यशूद्रजातिं मन्यन्ते। एते चत्वारः वर्णाः स्वीकृताः सन्ति, किन्तु नैतत् शास्त्रकारः स्वयम् उपदिशति यत् क्षत्रियः किं, वर्णश्च किम्। अत्र कृष्णः केवलं क्षत्रियस्य नामजग्राह, अग्रे चलित्वा च अष्टादशाध्यायं यावत् अस्य प्रश्नस्य समाधानं प्रस्तुतवान्। यत् वस्तुत इमे वर्णाः किम्, तथा च एषु कथं परिवर्तनं भवति। श्रीकृष्णः अवादित्, चातुर्वर्ण्यं मया सृष्टम्, चतुर्णां वर्णानां सृष्टिम् अहम् अकरवम्, तर्हि किं मानवानां विभाजनम् अभवत्। श्रीकृष्णः पुनः कथयति यत् नहि, गुणकर्मविभागशः। गुणानां माध्यमेन कर्मभागचतुष्टयेषु विभाजितम्। इदानीम् एतत् द्रष्टव्यम् अस्ति यत् तद् विभाजितं कर्म किमस्ति। गुणः परिवर्तनशीलः अस्ति, साधनायाः उचितप्रक्रियाद्वारेण तमोगुणात् रजोगुणे, रजोगुणात् सात्विकगुणे प्रवेशो मिलति। अतः सात्विकगुणस्य प्राधान्ये ब्राह्मणस्वभावः निर्मितो भवति। तस्मिन् समये ब्रह्मणि प्रवेशयितुं सर्वाः योग्यताः तस्मिन् साधके उपस्थिताः भवन्ति। वर्णसम्बद्धाः प्रश्नाः इतः समारभ्य अष्टादशाध्यायं यावत् पूर्यन्ते। श्रीकृष्णस्य मान्यतास्ति श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुतिष्ठतात्। स्वभावत उत्पन्ना यादृशी क्षमता धर्मे प्रवेष्टुं जायते कामं, सा क्षमता गुणरहित शूद्रश्रेणिका भवेत् तदापि परमकल्याणकारिका अस्ति। कुतो हि भवन्तः क्रमशः तत् एवोत्थानं कुर्वन्ति। ततः उच्चैः साधकानाम् अनुकरणेन साधकस्य पतनं भवति। अर्जुनः क्षत्रियक्षेणिकः साधकः आसीत्। एतस्मादेव श्रीकृष्णः कथयति यत् अर्जुन स्वस्वभावतः उत्पन्नायाः युद्धप्रवृत्तिक्षमतायाः अनुभवं कृत्वा भयं कर्तुं योग्यः त्वं न असि। अतः उत्तमं द्वितीयं क्षत्रियस्य कल्याणकरं कर्म न विद्यते। अस्यैव विषयस्य विवेचनं कुर्वन् श्रीकृष्णः अवोचत्,
यदृच्छया चोपपन्नम् स्वर्गद्वारमपावृतम् सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्।
पार्थिवशरीरं रथं परिकल्प्य सफललक्ष्यवेधिन् पार्थ स्वतः प्राप्तम् अनावृतकपाटं स्वर्गद्वारं प्रवेष्टुं प्रस्तुतमिदं युद्धं सौभाग्यवन्तः क्षत्रियाः एव लभन्ते। क्षत्रियश्रेणिकेषु साधकेषु गुणत्रयं छेत्तुं सामर्थ्यं विद्यते। तदर्थं स्वर्गद्वारं सदानावृतं कपाटं मिलति। कुतो हि तस्मिन् पूर्णरूपेण दैवी सम्पत् समर्जितम् उपलभ्यते। स्वरे विचरणस्य क्षमता तस्मिन् समुल्लसति। इदमेवोद्घाटितं स्वर्गद्वारम् अस्ति। क्षेत्रक्षेत्रज्ञयोः विचारपरकमिदं युद्धं क्षत्रियाः एव प्राप्नुवन्ति। कुतस्मात् क्षत्रियेषु एव अस्य युद्धस्य सङ्घर्षस्य सामर्थ्यं वर्तते। संसारे सङ्गराः भवन्ति। निखिलं जगत् समवेत्य करोति युद्धं। प्रत्येकं जातयः युध्यन्ते, किन्तु शाश्वतं विजयं युद्धे विजयिनः अपि न आसादयन्ति। इमे तु प्रतिशोधाः सन्ति। यः कमपि अपरं यथा पीडयति
कालांतरे सोपि तथैव पीडितो भवति। कीदृशोऽयं विजयः? यस्मिन् इन्द्रियाणि शुष्कितानि कर्तुं शोकः संतिष्ठते, अन्ततः शरीरमपि विनङ्क्षति। वास्तविकः संघर्षस्तु क्षेत्रक्षेत्रज्ञयोः च अस्ति। यस्मिन् एकवारमपि प्राप्ते विजये प्रकृत्योपरि सार्वकालिकनिरोधपुरःसरं परमपुरुषस्य परमात्मनः प्राप्तिर्भवति। अयं विजयः एवन्दृशो अस्ति यस्मिन् कदापि न पराजयः।
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि, ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।
अर्जुन, यदि त्वं धर्मयुक्तं संग्रामं नाम शाश्वत सनातन परम धर्म परमात्मनि प्रवेशं दापयितारं धर्मयुद्धं न करिष्यसि, तदा स्वधर्मतः अर्थात् स्वभावादुत्पन्न संघर्षस्य क्षमतां क्रियायां प्रवृत्तेः च क्षमतां विनाश्य पापं अर्थात् जन्म मरण मिश्रितां अपकीर्तिं लप्स्यसे। अपकीर्तिञ्च विवृणोति श्रीकृष्णः।
अकीर्तिं चापि भूतानि कथयिष्यन्ति ते व्ययां, संभावितस्य चाकीर्ति मरणादतिरिच्यते।
सर्वे जनाश्चिरकालं यावत् तव अपकीर्तेश्चर्चां करिष्यन्ति, अद्यापि पथच्युतेषु महात्मसु विश्वामित्रः, पाराशरः, निमिः, शृङ्गी इत्यादि महात्मनां गणना भवति। बहवः साधकाः स्वधर्मानुष्ठाने बहु परामृशन्ति, चिन्तयन्ति च जनाः किं मां कथयिष्यन्ति इति। एतादृशः भावः अपि साधनायां सहायकः भवति। अनेन साधनायां संलग्नतायाः प्रेरणा लभ्यते। कियद्दूरं यावद् अयं भावः अपि सहायतां निभालयति। माननीयपुरुषेभ्यः अपकीर्तिः मृत्योः अपि भृशं कष्टदा।
भयाद्रणादुपरतं मौस्यन्ते त्वां महारथाः, येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।
येषां महारथीनां दृष्टौ बहुमान्यतां प्राप्य साम्प्रतं युद्धाद्विरतिः त्वां तुच्छता गर्ते पातयिष्यति। ते महारथिनः त्वां युद्धभयाद् भयभीतं मानयिष्यन्ति। महारथी कः? अस्मिन् मार्गे महता परिश्रमेण अग्रे गन्तारः साधकाः एव महारथिनः सन्ति। इत्थमेव तद्वत् परिश्रमेण अविद्योन्मुखमाकर्षयन्तः कामः, क्रोधः, मोहः, लोभादयः अपि महारथिनः सन्ति, ये तुभ्यम् अपरिमितं सम्मानं यच्छन्ति स्म। यत् साधकः अर्जुनः प्रशंसापात्रमस्ति, त्वं तेषां दृष्टौ पतिष्यसि। एतदेव नहि प्रत्युत
अवाच्य वादांश्च बहू वदिष्यन्ति तवाहिताः, निन्दन्तस्तव सामर्थ्यं ततो दुःख दुःखतरं नु किम्।
शत्रुगणाः तव पराक्रमस्य निन्दां कुर्वन्तः सन्तः कानिचित् अकथनीयानि वचनानि वक्ष्यन्ति। एकस्मिन् दोषे प्रविशति सति परितः निन्दानां दुर्गुणानां च ततिः आवृणोति। अकथनीयानि अपि वचांसि कथयन्ति जनाः, अतः परं महद्दुःखं किं भविष्यति। अतः
हतो वा प्राप्स्यसि स्वर्गम्, जित्वा वा भोक्ष्यसे महीं, तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
अस्मिन् युद्धे मृत्युर्भविष्यति चेत् तदा स्वर्गं प्राप्स्यसि। स्वरे विचरणस्य क्षमता स्थास्यति। श्वासस्य बहिः प्रकृतौ विचरणस्य धारा निरुद्धा भविष्यन्ति। परं देवे परमात्मनि प्रवेशदापयित्री दैवी सम्पत् हृदये पूर्णरूपेण प्रवाहिता भविष्यति। उद्वा अस्मिन् संघर्षे प्राप्ते विजये महामहिमायुतां स्थितिं प्राप्स्यसि। अत अर्जुन, योद्धुं निश्चयं कृत्वा सन्नद्धो भव। प्रायः जनाः उक्तश्लोकस्य सन्दर्भे जानन्ति यत् अस्मिन् युद्धे मरणानन्तरं स्वर्गलाभः, विजयानन्तरं भूभोगलाभः, किन्तु भवन्तः जानन्ति अर्जुन उक्तवान् अस्ति भगवन् भूतलस्यैव नहि प्रत्युत त्रैलोक्यस्य साम्राज्ये प्राप्ते तथा च देवानां देवत्वं प्राप्ते इन्द्रपदप्राप्तौ अपि अहं तम् उपायं न पश्यामि य इन्द्रियाणि शोषयितुं समर्थं मम शोकं निवारयेत् च। यदि एतावत् एव उपलब्धिः तदा गोविन्द अहं कदापि युद्धं न करिष्यामि चेदस्यां स्थितौ अपि श्रीकृष्णः समादिशेत् यद् अर्जुन युद्धं कुरु, जेष्यसि चेत् पृथ्वीं प्राप्स्यसि, पराजये सति स्वर्गस्य निवासः सुनिश्चितः। तदा श्रीकृष्णः ददात्येव किम्? अर्जुनः इत उपरितनस्य सत्ययुतस्य श्रेयसः काङ्क्षी शिष्य आसीत्। यं सद्गुरुः श्रीकृष्णः उपदिष्टवान् यत् क्षेत्रक्षेत्रज्ञयोः अस्मिन् सङ्घर्षे चेत् शरीरं प्रणश्यति, लक्ष्यप्राप्तिं यावत् न भवेद् गतिः तदा स्वर्गं लप्स्यसि। अर्थात् स्वर एव विचरणस्य क्षमतां प्राप्स्यसि। दैवी सम्पत् हृदयदेशे स्थिरा भविष्यति। अस्य शरीरस्य विद्यमानत्वे सङ्घर्षे सफलो भविष्यसि चेत् महिम नाम सर्वोत्कृष्ट ब्रह्ममहिम्नः सदुपयोगं करिष्यसि, महामहिम्नः स्थितिञ्च अवाप्स्यसि। जये सति सर्वोत्कृष्टं महामहिमत्वस्य प्राप्तिः, पराजये तु देवत्वप्राप्तिः, उभयोः हस्तयोः मोदकमोदः। लाभेऽपि लाभः, हानौ अपि लाभः एव। पुनः अमुं विचारं दृढयति।
सुखदुःखे समे कृत्वा लाभालाभो जया जया, ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।
अनेन प्रकारेण सुखं दुःखं लाभं हानिं जयं पराजयं च समानरूपेण मत्वा
त्वं युद्धं कर्तुं समुद्यतो भव। युद्धेन त्वं पापं न अवाप्स्यसि, अर्थात् सुखे यत्र सर्वस्वं वर्तते तत्रैव दुःखे देवत्वोपस्थितिः, लाभे महीप्राप्तिः अर्थात् सर्वस्वप्राप्तेः अनुभवः, हानौ च देवत्वमस्ति। विजये महामहिम्नः गौरवं मिलति, पराजये तु सहजरूपेण दैवीसम्पदुपर्यधिकारो भवति। इत्थं स्वलाभहानिं सम्यक् अवबुद्ध्य युद्धार्थं सन्नद्धो भव। युद्धे एव द्वे वस्तूनि वर्तेते। युद्धं करिष्यसि चेत् त्वं जन्ममरणबन्धनान् मुक्तो भविष्यसि, अतः त्वं युद्धं कर्तुं तत्परो भव।
एषा ते भिहिता सांख्ये बुद्धिर्योगे त्विमां श्रृणु, बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।
हे पार्थ, अयं बुद्ध्युपदेशः त्वदर्थं ज्ञानयोगस्य विषये समुदीरितः। कीदृशी बुद्धिः? एतदेव यत् युद्धं कुरु। ज्ञानयोगे एतत् तत्त्वं वर्तते यत् स्वास्तित्वम् अवलोक्य लाभहान्योः सम्यक् विचारं कृत्वा यज्जेष्यामः तदा महत्त्वपूर्णां स्थितिं पराजयिष्यामहे देवत्वम्। एवं जये सर्वस्वलाभः, पराजयेऽपि देवत्वप्राप्तिः, उभयथा लाभः अस्ति। युद्धं चेन्न करिष्यसि तर्हि सर्वे जना भयाद्युद्धपराङ्मुखाः मानयिष्यन्ति, अपकीर्तिर्भविष्यति। अनया रीत्या स्वास्तित्वं पुरतः संस्थाप्य स्वयं विचारं कृत्वा युद्धक्रियायाम् अग्रेसरता एव ज्ञानयोगः अस्ति। प्रायः जनेषु भ्रान्तिर्वर्तते यत् ज्ञानमार्गे कर्म नाम युद्धं न करणीयं भवति। ते कथयन्ति यज्ज्ञानमार्गे कर्म नास्ति। अहं तु शुद्धोऽस्मि, बुद्धोऽस्मि, चैतन्योऽस्मि, तथा अहं ब्रह्मास्मि, गुणागुणेषु वर्तन्ते, एवं मन्वानाः करोपरिकरं निधाय कर्मणः विरमन्ति। योगेश्वरकृष्णानुसारेण नायं ज्ञानयोगः अस्ति। ज्ञानयोगे अपि तदेव कर्म करणीयं भवति यत् कर्म निष्कामकर्मयोगे अपि क्रियते। उभयोर्मध्ये केवलं बुद्धेः तथा दृष्टिकोणस्य अन्तरम् अस्ति। ज्ञानमार्गी स्वस्थितिम् अवबुद्ध्य स्वस्मिन् निर्भरो भूत्वा कर्म करोति। यदा तु निष्कामकर्मयोगी इष्टाश्रितो भूत्वा कर्म करोति। कर्मविधानम् उभयमार्गे निर्धारितमस्ति। तत्कर्मापि एकमेवास्ति, यत्कर्म मार्गद्वये करणीयमस्ति। एवं कर्मसम्पादनस्य दृष्टिकोणद्वयम् अस्ति। अर्जुन, इमामेव बुद्धिम् इदानीं त्वं निष्कामकर्मयोगस्य विषये शृणु, येन संयोजितः त्वं कर्मबन्धनानां साधुप्रकारेण नाशं करिष्यसि। अत्र श्रीकृष्णः कर्मणः नाम सर्वप्रथमं जग्राह, किन्तु नैतदुक्तवान् यत् किमस्ति कर्म। साम्प्रतं कर्मविवेचनं न कृत्वा कर्मणः विशेषतासु प्रकाशं वितनोति।
जी। योऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।
अस्मिन् निष्काम कर्मयोगे आरंभस्य अर्थात बीजस्य नाशः न भवति कदापि, सीमित फलस्वरूपो दोषो नास्ति। अत एव निष्काम कर्मणः अस्मात् कर्मणः संपादितः स्वल्पोपि साधन समूहः जन्म मृत्यु रूपस्य महत् भयात् उद्धारं करोति। भवान् इदं कर्म परामृशतु, तदुपरि पदद्वयं चलतु। नाम यः श्रेष्ठ गृहस्थाश्रमे स्थित्वापि चलितुं शक्नोति, साधकास्तु चलन्त्येव। बीजमात्रं प्रक्षिपेत् तदा अपि अर्जुन बीजस्य नाशः न भवति। प्रकृतौ नैतादृशी कापि क्षमता, एतादृशं न किमप्यस्त्रं वर्तते यत् तत् सत्यं निर्मूलयेत्। प्रकृतिः केवलम् आवरणं कर्तुं शक्नोति, किमपि विलम्बं कर्तुं क्षमा, किन्तु साधनस्यारम्भं न निर्मूलयितुं शक्नोति। अग्रे चलित्वा कृष्णः समादिदेश यत् सर्वेषां पापिनां प्रमुखः अपि कथं न भूयात्। असौ अपि ज्ञानरूपया नौकया निःसन्देहं पारङ्गमिष्यति। साधुरूपेण तदेव विवेचनम् इह कुर्वन् कथयति यत् अर्जुन निष्कामकर्मयोगस्य बीजरोपणमात्रं कुर्यात्, तदा तस्य बीजस्य विनाशः कदापि न भवति। विपरीतफलप्रदं दूषणम् अपि अस्मिन् न भवति। यद्भवन्तं स्वर्गं वृद्धिं सिद्धिं यावत् प्रापयित्वा त्यजेत्। भवान् साधनमिदं त्यजतु, किन्तु साधनमिदं भवदुद्धारं कृत्वैव त्यक्षति। अस्य निष्कामकर्मयोगस्य अल्पमपि साधनं जन्ममृत्योः महद्भयादुद्धारं करोति। अनेकजन्मसंसिद्धस्ततो याति परां गतिम्। कर्मणः इदं बीजारोपणम् अनेकजन्मनां पश्चात् तत्रैव स्थापयिष्यति। यत्र परमधाम अस्ति परमगतिश्चास्ति, अस्मिन्नेव क्रमे अग्रे कथयति श्रीकृष्णः।
व्यवसायात्मिका बुद्धिः एकेह कुरुनन्दन बहुशाखायनन्ताश्च बुद्धयो व्यवसायिनाम्।
अर्जुन अस्मिन् निष्काम कर्मयोगे क्रियात्मिका बुद्धिः तु एकैवास्ति, क्रिया एकैवास्ति, परिणामश्च एकैवास्ति, आत्मिकसम्पत्तिरेव स्थिरा सम्पत्तिः अस्ति। इमां सम्पत्तिं प्रकृतेर्द्वन्द्वे शनैः शनैः अर्जितकरणं व्यवसायः कथ्यते। अयं व्यवसायः तथा निश्चयात्मिका क्रिया अपि एकैवास्ति। तदा तु ये जनाः बह्विक्रियाः वदन्ति, किं ते भजनं न कुर्वन्ति? कथयति श्रीकृष्णः, आम्, ते भजनं न कुर्वन्ति। तेषां पुरुषाणां बुद्धिः अनन्तशाखायुता भवति, अत एव अनन्तक्रियाणां विस्तारं कुर्वन्ति।
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः वेदवादरता पार्थ नान्यदस्तीति वादिनः क कामात्मानः स्वर्गपरा जन्म कर्म फल प्रदान क्रिया विशेष बहुला भोगैश्वर्य गतिं प्रति।
पार्थ, ते कामात्मानः नाम कामनाभिर्युक्ताः, वेदवादरताः नाम वेदानां वाक्येषु अनुरक्ताः, स्वर्गपराः नाम स्वर्गम् एव परं लक्ष्यं मन्यन्ते, यत् स्वर्गात् परमपरं किमपि नास्ति एव, नहि एवं भाषमाणा अविवेकिनः जनाः जन्ममृत्युरूपं फलप्रदयोः भोगैश्वर्ययोः प्राप्तये नानाक्रियाणां विस्तारं कुर्वन्ति। प्रदर्शनपरासु मनोहरासु वाणीषु व्यञ्जयन्ति, अर्थात् अविवेकिजनानां बुद्धयः अनन्तभेदयुताः भवन्ति। ते सर्वे फलयुतेषु वाक्येषु अनुरक्ताः दृश्यन्ते, वेदवचनानि एव प्रमाणं मन्यन्ते, स्वर्गमेव श्रेष्ठं जानन्ति। तेषां बुद्धिः बहुभेदयुता वर्तते, अत एव अनन्तक्रियाणां रचनां रचयन्ति। ते नाम तु परमतत्त्वस्य परमात्मनः एव गृह्णन्ति, किन्तु तस्य व्यवधाने बहूनां क्रियाणां विस्तारं कुर्वन्ति। तर्हि किम् अनेकाः क्रियाः कर्मश्रेण्यां नायान्ति? श्रीकृष्णः कथयति, नहि, अनन्ताः क्रियाः न सन्ति कर्माणि। तर्हि सैका निश्चिता क्रिया का अस्ति? श्रीकृष्णः साम्प्रतं नैतद्ब्रवीति, साम्प्रतं तु केवलम् एतत् कथयति यत् अविवेकिनां बुद्धिः अनन्तशाखायुता भवति, अत एव ते बहूनां क्रियाणां विस्तारं कुर्वन्ति। ते केवलं विस्तारमेव नहि कुर्वन्ति, अपि तु आलङ्कारिकशैल्यां तस्य अभिव्यञ्जनं विदधति। तस्य प्रभावः किं भवति?
भोगैश्वर्यप्रसक्तानां तया परितचेतसां व्यवसायात्मिका बुद्धि समाधौ न विधीयते।
भोगैश्वर्य प्रसक्तानां जनानां वचनस्य प्रभावः येषां मानसे प्रभवति, अर्जुन, तेषामपि बुद्धिः विनष्टा भवति, ते न किमपि लभन्ते। पूर्वोक्तवाणीमाध्यमेन अपहृतचेतसां भोगैश्वर्ये रतानां जनानां चान्तःकरणे क्रियात्मिका बुद्धिर्नावशिष्यते। इष्टे समाधिस्थकारयित्री निश्चयात्मिका क्रियापि तेषु न वर्तते। एवं विधानाम् अविवेकिनां वाणीं कः शृणोति? भोगैश्वर्ययोः समासक्तचेतसः शृण्वन्ति, नाधिकारिणः श्रुतिपथम् आनयन्ति। एतादृशेषु पुरुषेषु शाश्वतादितत्त्वे प्रवेशं कारयित्री निश्चयात्मिका क्रियासंयुक्ता बुद्धिः न तिष्ठति। प्रश्नः जागर्ति, वेदवादरताः नाम ये वेदस्य वचने अनुरक्ताः सन्ति, किं तेऽपि भ्रान्ताः? अस्मिन् सन्दर्भे कृष्णः ब्रूते,
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन, निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्।
अर्जुन, त्रैगुण्यविषया वेदाः नाम वेदाः गुणत्रयं यावत् प्रकाशं कुर्वन्ति। ततः परस्य वृत्तं ते नावगच्छन्ति। अत एव निस्त्रैगुण्यो भवार्जुन। अर्जुन, त्वं गुणत्रयेभ्यः उच्चैः पदं प्राप्नुहि। अर्थात् वेदकार्यक्षेत्रतः अग्रे चर। कथं वेदकार्यक्षेत्रात् अग्रे वर्धनं भवेत्? अस्मिन् प्रकरणे कृष्णः ब्रवीति निर्द्वन्द्वः, नाम सुखदुःखयोः द्वन्द्वात् रहितः, नित्यसत्यवस्तुनि स्थितः, योगक्षेमं वाञ्छन् आत्मपरायणो भव। इत्थम् उत्तिष्ठोपरि। प्रश्न उदेति यत् अहमेव केवलं वेदपथोपरि गच्छेयम् उद्वा अन्योऽपि कश्चित् वेदमार्गमतिक्रम्योपरिस्थं पन्थानम् आश्रितवान्? कथयति श्रीकृष्णः, यः वेदमार्गादुपरि गच्छति स ब्रह्म जानाति, यश्च ब्रह्म जानाति स एव विप्रः।
यावानर्थ उदपाने सर्वतः संप्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।
सर्वतः सलिलपरिपूर्णं जलाशयं लब्ध्वा मनुष्यस्य लघुजलाशयेन यादृशं प्रयोजनम् अपेक्षितं भवति, सम्यक् प्रकारेण ब्रह्मज्ञब्राह्मणस्य वेदानां तावदेव प्रयोजनं भवति। तात्पर्यमिदं यत् यो वेदानाम् उपरि समुत्तिष्ठति स तु ब्रह्म जानाति, स एव ब्राह्मणोऽप्यस्ति। अर्थात् त्वं वेदेभ्यः उपरिष्टात् चल, ब्राह्मणो भव। अर्जुनः क्षत्रियः आसीत्। श्रीकृष्णः ब्रूते यत् त्वं ब्राह्मणो भव। ब्राह्मणक्षत्रियादिवर्णाः स्वभावस्य क्षमतानां संज्ञाः। इदं कर्मप्रधानम् अस्ति, न तु जन्मतः निर्धारिता काचिद् रूढिरस्ति। यो गङ्गायाः पूतां धारां प्राप्तवान्, तस्य क्षुद्रजलाशयेन किं प्रयोजनम्? कश्चित् गङ्गायां स्नाति, कश्चित् पशून् स्नापयति, अतः परं न गङ्गाजलस्य प्रयोजनं किमप्यपरम्। अनेनैव प्रकारेण ब्रह्मणः साक्षात् कर्तुः तस्य विप्रमहापुरुषस्य, तस्य विप्रपदप्राप्तस्य ब्राह्मणस्य वेदानां तावदेव प्रयोजनम्। प्रयोजनम् अवश्यमेव अवशिष्यते। वेदास्तिष्ठन्ति कुतो हि पृष्ठानुवर्तिनां कृते वेदानाम् उपयोगोऽस्ति, तत एव चर्चायाः प्रारम्भो भविष्यति। अत उपरिष्टात् योगेश्वरकृष्णः कर्मविधानसमये ज्ञातव्यानां सावधानीनां प्रतिपादनं करोति।
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन, मा कर्मफलहेतुर्भुर्मा ते सङ्गोस्त्वकर्मणि।
कर्मसम्पादनमेव स्यात् तव अधिकारः, फलप्राप्तौ न कदाप्यधिकारः। एवं जानीहि कर्मणः फलम् अस्त्येव नहि। फलस्य वासनायुक्तः अपि मा भव, तथा कर्मविधाने तव अश्रद्धापि मा स्यात्। इदानीं यावत् श्रीकृष्णः एकोनचत्वारिंशन्मिते श्लोके प्रथमं वारं कर्मणः नाम जग्राह, किन्तु नैतदुक्तवान् यत् तत्कर्म किमस्ति, तत्कर्म कथं करणीयम्, तस्य कर्मणः विशेषतासु प्रकाशं कृतवान् यत् अर्जुन
अस्य कर्मणः द्वारेण त्वं कर्मबन्धनात् सम्यक् मोक्ष्यसि। द्वितीयम्, अर्जुन, अस्मिन् कर्मणि बीजस्य आरम्भस्य वा नाशः न भवति। कृते सति कर्मणामारम्भे प्रकृतेः सविधे न कोऽपि उपायः वर्तते यो बीजं विनाशयेत्। तृतीयम्, अर्जुन, अस्मिन् सीमितफलरूपं दूषणमपि न वर्तते यत् स्वर्गं ऋद्धिसिद्धिबन्धने बन्धयित्वा स्थापयेत्। चतुर्थम्, अर्जुन, अस्य कर्मणः ईषदपि साधनं जन्ममृत्योरुद्धारकारयिता भवति, किन्तु साम्प्रतं यावत् श्रीकृष्णेनैतत् नोपदिष्टं यत् कर्म किमस्ति, कथं तत्कर्म विधेयम्, अस्यैव अध्यायस्य एकचत्वारिंशत्तमे श्लोके तेन उक्तम्। पञ्चमम्, अर्जुन, अस्मिन् निश्चयात्मिका बुद्धिः एकैवास्ति, क्रिया एकैवास्ति, तर्हि किं बहुक्रियाशीला भजनं न कुर्वन्ति? श्रीकृष्णः भाषते, ते कर्म न कुर्वन्ति। अस्य कारणं वर्णयन् श्रीकृष्णः वदति यत् अविवेकिनां बुद्धिः अनन्तशाखावती भवति, अत एव ते नानाक्रियाणां विस्तारं कुर्वन्ति। ते प्रदर्शनशीलायां शोभायुक्तायां वाण्याम् इमाः क्रियाः व्यक्तमपि कुर्वन्ति। तेषां वचसां प्रभावः येषां चेतसि प्रपतति तेषामपि बुद्धिर्नष्टा बोभवीति। अतः निश्चयात्मिका क्रिया एकैवास्ति, किन्तु नैतदुक्तं कृष्णेन सा क्रिया का अस्ति? सप्तचत्वारिंशत्तमे श्लोके कृष्णेनोक्तम्, अर्जुन, कर्मविधान एव तव अधिकारः अस्ति, फले न कदापि, फलस्य वासनावान् अपि मा भूः, कर्मविधाने च तवा श्रद्धा न भवेत्। अर्थात् निरन्तरं कर्मविधानाय कर्मण्येव लीनो भूत्वा कर्म कुरु। किन्तु नैतत् प्रतिपादितं यत् तत् कर्म किमस्ति? प्रायः अस्य श्लोकस्योद्धरणं दत्त्वा जनाः कथयन्ति यत् किमपि कर्म विधेहि, केवलं फलस्य कामना मा कुरु, सम्पन्नो निष्कामकर्मयोगः। किन्तु साम्प्रतं यावत् श्रीकृष्णः नावोचत् यत् कर्मास्ति कीदृशं, यत् कुर्याम्। अत्र केवलं कर्मणां विशेषतासु प्रकाशः प्रथितः यत् कर्म ददाति किं, कर्मविधानसमये च व्यवहृतावधानता च का, तदुपरि प्रकाशं वितनौति। अर्जुनस्तदवस्थो विराजते, यस्य समाधानं योगेश्वरः आगामिन्यध्याये तृतीये चतुर्थे च स्पष्टं करिष्यति, पुनरुक्तभावं दृढयति।
योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनञ्जय, सिद्ध्यसिद्ध्यो समो भूत्वा समत्वं योग उच्यते।
धनञ्जय, आसक्तिं संगदोषं च त्यक्त्वा सिद्धावसिद्धौ समानभावम् उररीकृत्य योगस्थो भूत्वा कर्म कुरु। कीदृशं कर्म? निष्कामं कर्म कुरु, समत्वं योग उच्यते। अयं समत्वभाव एव योगः कथ्यते, यस्मिन् विषमता न स्यात्। ईदृशो भावः समत्वमुदीर्यते, ऋद्धयः सिद्धयः च विषमायन्ते। आसक्तिरस्मान् विषमं करोति, फलस्य कामना विषमतां जनयति, अत एव फलस्य वासना न भवेत्। पुनरपि कर्मविधाने
श्रद्धायाः अभावो न स्यात्। दृष्टेषु श्रुतेषु सर्वेषु वस्तुषु आसक्तेः त्यागं विधाय प्राप्तेरप्राप्तेश्च विषये न चिन्तयित्वा केवलं योगे स्थितो कर्म कुरु, योगाच्चित्तं चलायमानं न भवेत्। योगः एकस्याः पराकाष्ठायाः स्थितिः अस्ति, एका च प्रारम्भस्य स्थितिर्भवति। प्रारम्भे अपि अस्माकं दृष्टिः लक्ष्योन्मुखी भवेत्। अतः योगोपरि दृष्टिं ददानः कर्मणः आचरणं करणीयम्। समत्वभावः अर्थात् सिद्ध्यसिद्ध्योः समभाव एव योगः स्मृतः। यं पुरुषं सिद्ध्यासिद्धी विचालयितुं न पारयतः, यस्मिन् विषमतायाः नोत्पत्तिः एतादृशे भावे जायमाने सति, अयं समत्वयोगः समुच्यते। अयं योगः इष्टात् समत्वं दापयति, अत एव एनं समत्वयोगं कथयन्ति। कामनानां सर्वथा त्यागः अस्ति, अत एवेमं निष्कामकर्मयोगं कथयन्ति। कर्मास्ति विधेयम्, अत एव कर्मयोगः अयं कथ्यते। परमात्मना सह मेलनं कारयति, अत एवास्य नाम योगः अर्थात् मेलोऽस्ति। अस्मिन् योगे बौद्धिकस्तरे ध्यानं धरणीयं भवति यत् सिद्ध्यसिद्ध्योः समभावः स्थिरो भवेत्, आसक्तिर्मा भवेत्, फलस्य वासना नागच्छेत्। अत एव अयं निष्कामकर्मयोगः बुद्धियोगः अपि समुच्यते।
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय, बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः।
धनञ्जय, अवरं कर्म नाम निकृष्टकर्म, वासनायुतं कर्म बुद्धियोगात् दूरं तिष्ठति। फलकामनावन्तः कृपणाः सन्ति, ते आत्मना सहोदरतां न पालयन्ति। अतः समत्वबुद्धियोगस्याश्रयणं विधेहि। यादृशी कामना वर्तते तादृशं फलं मिलेत् यदि, तदा तस्य भोगार्थं शरीरधारणमपि भवत्यनिवार्यम्। जन्ममरणं निश्चितं चेत् तर्हि कल्याणं कीदृशम्? साधकेन मोक्षस्यापि धारणा न धारणीया, कुतो हि वासनाभ्यो मुक्तिरेव मोक्षः। फलप्राप्तिचिन्तनेन साधकस्य समयः व्यर्थं नश्यति। जातायां फलप्राप्तौ स प्राप्तफले निबध्नाति, तस्य साधना समाप्ता भवति। अग्रे चलित्वा स भजनं किमर्थं विदधीत? तत एव सम्भ्रान्तः भवति। अतः समत्वबुद्ध्या योगं समाचर। ज्ञानमार्गमपि श्रीकृष्णः बुद्धियोगं कथितवान्। यद् अर्जुन एतद्बुद्धिनिर्देशः ते ज्ञानयोगविषये निर्दिष्टः। अत्र च निष्कामकर्मयोगम् अपि बुद्धियोगः समीरितः। वस्तुतः उभयोः बुद्धिसम्बद्धदृष्टिकोणस्यान्तरं भासते। तस्मिन् लाभालाभयोः स्तरं परीक्ष्य गमनम् अपेक्षितं भवति। अस्मिन्नपि बौद्धिकस्तरे समत्वस्य संरक्षणम् आवश्यकं ज्ञेयम्। अत एव अयं समत्वबुद्धियोगः कथ्यते। अतः धनञ्जय, त्वं समत्वबुद्धेः आश्रयं गृह्णीयाः, कुतो हि फलवासनायुताः कृपणतमाः सन्ति।
बुद्धियुक्तो जहातीह उभे सुकृत दुष्कृते तस्माद्योगाय युज्यस्व योग कर्म सुकौशलम्।
समत्व बुद्धि युक्तः पुरुषः पुण्य पाप द्वयमपि लोकेस्मिन् परित्यजति तस्मिन् न भवति संलिप्तः। अस्मात् कारणात् समत्व बुद्धि योगार्थं चेष्टां कुरुष्व। योगः कर्मसु कौशलम् नाम समत्व बुद्ध्या सह कर्मणः समाचरण कौशलमेव योगः समुच्यते। संसारे कर्मविधानस्य द्वौ दृष्टिकोणौ प्रचलितौ स्तः। जनाः कर्म कुर्वन्ति तदनु तस्य फलम् अपि अवश्यं वाञ्छन्ति, कर्मफलाप्राप्तौ वा कर्मसम्पादनमेव नेच्छन्ति। किन्तु योगेश्वरः कृष्णः इमानि कर्माणि बन्धनकराणि प्रतिपादयन् आराधनाम् एव एकमात्रं कर्म मनुते। अस्मिन् अध्याये सः कर्मणः नाममात्रमेव जग्राह। तृतीयाध्यायस्य नवमे श्लोके कर्मणः परिभाषां वर्णितवान्। चतुर्थे अध्याये कर्मस्वरूपोपरि विस्तारेण विवेचनं प्रस्तौत। प्रस्तुतश्लोके श्रीकृष्णः सांसारिक परम्परातः समपसृत्य कर्मविधानस्य कलां बोधितवान् यत् कर्म कुरु किन्तु श्रद्धापूर्वकं कर्म कुरु तथा च फलाधिकारेच्छां स्वेच्छया परित्यज। फलं यास्यति क्व? एतदेव कर्मविधानस्य कौशलम् अस्ति। निष्कामसाधकस्य समग्रा शक्तिः एवं प्रकारस्य कर्मणः करणे संलग्ना भवति। आराधनार्थम् एव इदं शरीरम् अस्ति। पुनरपि जिज्ञासा स्वाभाविक्या अस्ति यत् सर्वदैव कर्माणि कुर्वन्नेव स्थातव्यम्, उत वा अस्य किमपि परिणामः अपि निःसरिष्यति? पश्येम।
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्।
बुद्धियुक्ताः ज्ञानीजनाः कर्मोद्भवं फलं परिहाय जन्ममृत्योर्बन्धनात् मुक्ताः भवन्ति। ते निर्दोषम् अमृतमयं पदं प्राप्नुवन्ति। इह त्रिविधबुद्धेश्चित्रणम् अस्ति एकोनत्रिंशत् श्लोके। साङ्ख्यबुद्धौ फलद्वयम् अस्ति, स्वर्गं श्रेयश्च। एकपञ्चाशत् श्लोके कर्मयोगे प्रवृत्तायाः बुद्धेः एकमेव फलमस्ति, जन्ममृत्योर्मुक्तिः, निर्मलाविनाशिनः पदस्य प्राप्तिः। अलम् इमे द्वे योगक्रिये स्तः। इतोऽतिरिक्ता बुद्धिः अविवेकजन्या कथ्यते, बहुशाखावती च सा, यस्याः फलं कर्मभोगाय मुहुर्मुहुर्जन्ममृत्युग्रहणम्। अर्जुनस्य लक्ष्यं लोकत्रयस्य साम्राज्ये देवानामुपरि स्वामित्वसंस्थापने च सीमितमासीत्। एतदर्थमपि स युद्धे प्रवृत्तः न भवति स्म। अत्र श्रीकृष्णः पार्थाय नवीनं तथ्यं समुद्घाटयति यत् आसक्तिरहितकर्मद्वारा अनामयं पदं प्राप्तं भवति, निष्कामकर्मयोगः परमं पदं प्रापयति यत्र मृत्योः प्रवेशो न भवति। अस्मिन् कर्मणि प्रवृत्तिः कदा भविता?
य यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च।
यस्मिन् समये तव नाम प्रत्येकसाधकस्य बुद्धिः मोहरूपी गिलपङ्कं नाम दलदलं पूर्णरूपेण पारयिष्यति, लेशमात्रमपि मोहो न शिष्येत् न पुत्रे न धने न प्रतिष्ठायाम्। एतेभ्यः अखिलेभ्यः सम्बन्धः विच्छिन्नो भविष्यति। तस्मिन् समये यत् श्रोतुं योग्यं त्वं तत् श्रोष्यसि, श्रुतानुसारेण च त्वं वैराग्यं प्राप्स्यसि, अर्थात् तदाचरणे नेतुं शक्ष्यसि। इदानीं तु यत् श्रोतव्यं तन्न त्वं श्रोतुं शशाक, आचरणे कार्यान्वयनस्य तु प्रश्न एव नोदेति। अस्याम् योग्यतायाम् उपरि पुनः प्रकाशं ददाति।
श्रुतिविप्रतिपन्नाते यदा स्थास्यति निश्चला समाधावचला बुद्धि तदा योगमवाप्स्यसि।
अनेक प्रकाराणां वेदवाक्यानां श्रवणं कृत्वा विचलिता तव बुद्धिः यदा समाधिस्था भूत्वा स्थिरा भविष्यति तदा त्वं समत्वयोगं लप्स्यसि, पूर्णां समां स्थितिं प्राप्स्यसि, यां स्थितिम् अनामयं परमं पदं कथयन्ति विज्ञाः। इयमेव योगस्य पराकाष्ठा, अप्राप्तस्य च प्राप्तिः अस्ति। वेदेभ्यस्तु केवलं शिक्षा मिलति, किन्तु श्रीकृष्णः कथयति श्रुतिविप्रतिपन्ना नाम श्रुतीनाम् अनेकसिद्धान्तानां श्रवणेन बुद्धिः विचलिता भवति। सिद्धान्तास्तु नैकाः श्रुताः, किन्तु ये सिद्धान्ताः श्रोतुं योग्याः तेभ्यः दूरं तिष्ठन्ति जनाः। इयं विचलिता बुद्धिः यस्मिन् समये समाधौ स्थिरा भविष्यति तदा योगस्य पराकाष्ठाभूतमृतपदं प्राप्स्यसि। अस्मिन् व्याख्यानसन्दर्भे अर्जुनस्य उत्कण्ठा स्वाभाविकी आसीत् यत् ते महापुरुषाः कीदृशाः सन्ति य अनामयपदे स्थिताः सन्ति येषां बुद्धिः समाधौ स्थिरा भवति। स अकरोत् प्रश्नम्। अर्जुन उवाच,
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव, स्थितधीः किं प्रभाषेत, किमासीत व्रजेत किम्।
समाधीयते चित्तं यस्मिन् स आत्मैव समाधिः, यस्मिन् चित्तस्य समाधानं भवेत् स आत्मैव समाधिरस्ति। अनादितत्त्वे यः समत्वं प्राप्नुयात् स समाधिस्थः कथ्यते। अर्जुनः पप्रच्छ, केशव, समाधिस्थस्थिरबुद्धिवतां पुरुषाणां लक्षणं किमस्ति? स्थिरप्रज्ञः पुरुषः कथं ब्रूते? स कथं तिष्ठति? कथं चलति? प्रश्नचतुष्टयं कृतवान् अर्जुनः। अतः परं भगवान् श्रीकृष्णः स्थितप्रज्ञस्य लक्षणं कथयन् बभाषे। श्रीभगवानुवाच,
प्रजहाति यदा कामान् सर्वान् पार्थमनोगतान् आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते।
पार्थ, यदा मानवो मनसि स्थितानां सर्वासां कामनानां त्यागं करोति तदा स आत्मन्येव आत्मना सन्तुष्टः सन् स्थिरबुद्धियुतः कथ्यते। कामनानां त्यागानन्तरम् एव आत्मनः दिग्दर्शनं भवति। एवं भूतात्मा रामः आत्मतृप्तः महापुरुषः एव स्थितप्रज्ञः समुच्यते।
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।
दैहिक दैविक भौतिक दुःखेषु येषां मनांसि न उद्विग्नानि भवन्ति सुखप्राप्तौ येषां स्पृहा निर्मूला भवन्ति प्रतीयते येषां रागभयक्रोधाः नष्टाः परिलक्ष्यन्ते मननशीलतायाः पराकाष्ठां प्राप्तः मुनिः स्थितप्रज्ञः कथ्यते। तेषाम् अपरं लक्षणं वर्णयति।
यः सर्वत्रानभिस्नेहः तत्तत्प्राप्य शुभाशुभम् नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।
यः पुरुषः सर्वत्र स्नेहमुक्तः सन् शुभमशुभञ्च लभमानो न तु प्रसीदति न द्वेषं करोति तस्य बुद्धिः स्थिरा ज्ञेया। शुभं तु तदेव यत् परमात्मस्वरूपे नियोजयति अशुभं तु तत् यत् प्रकृत्युन्मुखं करोति। किन्तु स्थितप्रज्ञः पुरुषः प्राप्तानुकूलपरिस्थितिभ्यः न द्विषति कुतो हि प्राप्तार्हं वस्तु तस्माद् भिन्नं नास्ति न च पतनकारका विकाराः अपि तस्य बाधकाः सन्ति। अयं भावः साम्प्रतं साधनैः सह तस्य स्वकीयं किमपि प्रयोजनं नावशिष्यते। एतादृशः पुरुषः स्थितप्रज्ञः अस्ति।
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता।
येन प्रकारेण कूर्मः स्वाङ्गानि संहरति तद्वत् यः पुरुषः स्वेन्द्रियाणि विषयेभ्यः परावर्तयति तदा तस्य बुद्धिः स्थिरा जायते। बहिरागतं भयं पश्यन् कच्छपो येन प्रकारेण स्वशिरः पादांश्च संहरति तद्वत् यः पुरुषः विषयेषु विचरणशीलानीन्द्रियाणि सर्वतः सङ्कुच्य हृदयदेशे निरुणद्धि तस्मिन् काले तस्य पुरुषस्य बुद्धिः स्थिरा भवति। किन्तु एतदेकं दृष्टान्तमात्रमेवास्ति। निवृत्तायां भयसम्भावनायां कच्छपः पुनः स्वाङ्गानि प्रसारयति। किमित्थमेव स्थितप्रज्ञमहापुरुषोऽपि विषयरसास्वादने प्रवृत्तो भवति।
अतः परम कथयति।
विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते।
इंद्रिय माध्यमेन विषयाणाम् अगृहीतॄणां पुरुषाणां तु विषयान् निवृत्तिः सुतरां संभवति। कुतो हि ते विषयग्रहणम् एव न कुर्वन्ति, किन्तु तेषां स्थायीरागः न निवर्तते। आसक्तिस्तु संलग्ना जीवति, सर्वेषाम् इन्द्रियाणां विषयान् निवारयताम् निष्कामकर्मणां रागः अपि परं दृष्ट्वा नाम परमतत्त्वपरमात्मनः साक्षात्कारं कृत्वा निवृत्तो भवति। महापुरुषाः कच्छपवत् स्वेन्द्रियाणि विषयेषु न प्रसारयन्ति। वारमेकं यदेन्द्रियाणां विषयेभ्यः परावर्तनं भवति तदा संस्कार एव निरस्यते, पुनस्ते न विकसन्ति। निष्कामकर्मयोगस्य आचरणेन परमात्मनः प्रत्यक्षं दर्शनेन सह तस्य पुरुषस्य विषयेभ्यः रागः निवर्तते। प्रायः ते चिन्तनपथे स्थिरा भवन्ति, निर्बन्धञ्च कुर्वन्ति। निर्बन्धद्वारेण इन्द्रियाणि अवरुद्ध्य ते विषयतः निवृत्ताः भवन्ति, किन्तु मानसे विषयाणां चिन्तनरागः अवशिष्यते। इयम् आसक्तिः परं दृष्ट्वा नाम परमात्मनः साक्षात्कारकरणानन्तरमेव निवर्तते, अतः पूर्वं नहि। पूज्य महाराजाः अस्मिन् सम्बन्धे स्वकीयाम् एकां घटनां चित्रयन्ति स्म। गृहत्यागात् पूर्वं तेषां कृते वारत्रयम् आकाशवाण्यः अभवन्। मया ते पृष्टाः, महाराजाः, भवद्भ्यः किमर्थम् आकाशवाणी अभवत्? अस्मभ्यं तु न अभवत्। तदास्मिन् सन्दर्भे महाराजेन उक्तम्, आम् अयि इयं शङ्का मे मनस्यपि जागृता, अर्थात् अयं सन्देहः मामप्यावृणोति। तदा अभवत् अनुभवः यदहं सप्तजन्मतः अनवरतः साधुरस्मि, चत्वारि जन्मानि तु साधुवेषं विरच्य भाले तिलकं संलिप्य क्वचित् भस्मच्छुरितं शरीरं विधाय क्वचित् धृतकमण्डलुः विचरन् आसम्। योगक्रियायाः ज्ञानं नासीत्, किन्तु व्यतीतत्रिजन्मतः प्रशस्तसाधुरस्मि, साधुना यथा भवितव्यम्। मयि योगक्रियासीत् जागृता, अतीते जन्मनि पारंगतः आसम्, निवृत्तिः अपि दृढायिता आसीत्, किन्तु द्वे कामने शेषे समभवताम्। एका स्त्री, अपरा गांजायाः धूम्रपानम्। अन्तरमानसे कामना बाहुल्यम् आसीत्, किन्तु बहिः क्षेत्रे मया शरीरं दृढीकृतम्। मनसि वासना जीवितासीत्, अत एव जन्म गृहीतम्। जन्मग्रहणानन्तरम् अल्पकालेनैव परमात्मा सर्वरहस्यं दर्शयित्वा श्रावयित्वा च निवृत्तिम् अदापयत्। द्वित्राश्चपेटाः दत्तवान्, मां च साधुं व्यरचयत्। तद्वत् श्रीकृष्ण इदं तथ्यं प्राकाशयत् यत् इन्द्रियद्वारेण विषयाणां ग्रहणं न कुर्वतां पुरुषाणामपि विषयाः निवृत्ताः भवन्ति, किन्तु साधनाद्वारा परमपुरुषस्य परमात्मनः साक्षात्कारानन्तरं स विषयाणां रागेभ्यः अपि निवृत्तः भवति। अतः यावत्कालं साक्षात्कारो न भवेत् तावत् कर्म करणीयमस्ति। उरकछु प्रथम बासना रही प्रभुपद प्रीति सरितसोबहि इति रामचरितमानसम्। इन्द्रियाणां विषयेभ्यो निवारणं कठिनमस्ति इत उपरि प्रकाशयति।
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।
कौन्तेय, प्रयत्नशीलानां मेधावी पुरुषाणां प्रमथनशीलानीन्द्रियाणि तस्य मेधाविनः मनः बलात् हरन्ति विचालयन्ति च, अत एव
तानि सर्वाणि संयम्य युक्त आसीत मत्परः वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।
तानि सर्वाणि इन्द्रियाणि संयम्य योगयुक्तश्च समर्पणेन साकं ममाश्रितो भवेत्। कुतो हि यस्य पुरुषस्य इन्द्रियाणि वशङ्गतानि भवन्ति तस्य बुद्धिः स्थिरा जायते। अत्र योगेश्वरः कृष्णः साधनस्य निषेधात्मकाङ्गैः सह तस्य विधेयात्मकपक्षोपरि बलं ददाति। केवलं संयमनिषेधाभ्याम् इन्द्रियाणि न भवन्ति वशगानि, समर्पणेन सार्धम् इष्टचिन्तनमनिवार्यं भवति। इष्टचिन्तनाभावे विषयचिन्तनं स्वतो भविष्यति, यस्य कुफलं श्रीकृष्णस्य शब्देषु पश्यन्तु।
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते।
विषयचिन्तनं कर्तॄणां पुरुषाणां तत्तद्विषयेषु आसक्तिः सम्भवति, आसक्त्या कामना उत्पद्यन्ते, कामनापूर्तौ समायाते व्यवधाने क्रोधः प्रादुर्भवति, क्रोधः कं विकारं जनयति।
क्रोधाद् भवति सम्मोह, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशाद् बुद्धिनाशो, बुद्धिनाशात् प्रणश्यति।
क्रोधात् विशेषप्रकारयुता मूढता अर्थात् अविवेकः समुत्पद्यते, नित्यानित्यवस्तुनो विचारो विनश्यति। अविवेकेन स्मरणशक्तिर्भ्रान्ता भवति, यथा अर्जुने अभवत् भ्रमतीव च मे मनः, गीतायाः समापनावसरे स अवोचत् नष्टो मोहः स्मृतिर्लब्धा। किं करवाणि किं न करवाणि एतस्य निर्णयः न भ्रान्तचित्ते भवितुं शक्नोति। स्मृतौ भ्रान्तायां योगपरायणा बुद्धिर्विनश्यति, विनष्टायाञ्च बुद्धौ स पुरुषः
स्वश्रेय साधनाच्युतो भवति। अत्र श्रीकृष्णः निर्दिशति यत् विषयाणां चिन्तनं न कर्तव्यं, साधकेन ईश्वरस्य नाम्नि रूपे लीलायां धामे च क्वचित् रन्तव्यम्। भजने शैथिल्ये जाते मनः विषयेषु निविशते, विषयाणां चिन्तनेन आसक्तिर्वर्धते, आसक्त्या तस्य विषयस्य कामना साधकस्यान्तर्मनसि समुदेति। कामनायाः पूर्तौ जाते व्यवधाने क्रोधः उदेति, क्रोधात् अविवेकः जायते, अविवेकात् स्मृतिभ्रमः भवति, स्मृतिभ्रमाच्च बुद्धिर्प्रणश्यति। निष्कामकर्मयोग एव बुद्धियोगः समुच्यते। कुतो हि बुद्धिस्तरं पुरस्कृत्य विचिन्तनीयम्, यत् कामनाः न जागृयुः फलं नास्त्येव। आगतायां कामनायाम् अयं बुद्धियोगः क्षिणोति। साधनकरीयविचारहीन मनःशुद्ध होय नहि तैसे इति विनयपत्रिका। विचारः परमावश्यकः अस्ति। विचारशून्यः पुरुषः श्रेयः साधनात् नीचैः पतति। साधनक्रमः छिन्नो भवति, स सर्वथा न नश्यति। भोगानन्तरं साधनं तत् एव पुनः प्रारभते, यदवरुद्धो आसीत्। इयं तु विषयोन्मुखानां साधकानां गतिः अस्ति। स्वाधीनान्तःकरणवान् साधकः कां गतिं प्राप्नोति? श्रीकृष्णः कथयति,
रागद्वेषवियुक्तैस्तु विषयानीन्द्रियैश्चरन् आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति।
आत्मविधिं प्राप्तः प्रत्यक्षदर्शी महापुरुषः रागद्वेषविमुक्तः स्ववशमानितैरिन्द्रियैः विषयान् चरन् नाम विषयेषु विचरन् सन् अपि प्रसादम् अधिगच्छति, अन्तःकरणस्य निर्मलतां लभते, स स्वभावदृष्टौ निवसति। महापुरुषस्य कृते विधिनिषेधौ न वर्तेते, तस्य कृते कुत्रापि अशुभं न तिष्ठति, यस्मात् स सुरक्षां कुर्यात्। तथा तस्य कृते कोऽपि शुभः न शेषायते, यस्यासौ कामनां विदधीत्।
प्रसादे सर्वदुःखानां हानिरस्योपजायते, प्रसन्नचेतसो याशु बुद्धिः पर्यवतिष्ठते।
भगवतः पूर्णकृपाप्रसादेन भगवत्तया संयुक्ते सति तस्य सम्पूर्णदुःखानाम् अभावः जायते। दुःखालयम् अशाश्वतम् नाम संसारस्य अभावः निष्पद्यते। तस्य प्रसन्नचित्तस्य च पुरुषस्य बुद्धिः त्वरितं साधुप्रकारेण स्थिरा सम्पद्यते। किन्तु यः योगयुक्तः नास्ति तस्य दशोपरि प्रकाशं कुरुते।
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना, न चाभावयतः शान्तिः, अशान्तस्य कुतः सुखम्।
योगसाधनरहितपुरुषस्यान्तःकरणे निष्कामकर्मयुक्तबुद्धिः नोत्पद्यते, तस्यायुक्तस्य अन्तःकरणे भावः अपि न जागर्ति। भावनारहितस्य पुरुषस्य शान्तिः क्व? अशान्तपुरुषस्य च सुखं क्व? योगक्रियाविधानेन किञ्चित् दर्शने सति भावः रच्यते। जाने बिनु न होई परतीति, भावनां विना शान्तिर्न मिलति। शान्तिरहितपुरुषाय च शाश्वतसनातनस्य प्राप्तिः न भवति।
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि।
जले नौकां येन प्रकारेण पवनः अधिकृत्य लक्षात् दूरं कारयति, तद्वत् विषयेषु प्रवाहमानेषु इन्द्रियेषु येनेन्द्रियेण सह मनः रमते तदेकमेव इन्द्रियं तस्यायुक्तपुरुषस्य बुद्धिं हरति। अतः योगस्याचरणम् अनिवार्यम् अस्ति। क्रियात्मकाचरणोपरि श्रीकृष्णः पुनः बलमाददाति।
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता।
एतस्मात् हे महाबाहो, येषां पुरुषाणामिन्द्रियाणीन्द्रियविषयेभ्यः सर्वथा वशीकृतानि भवन्ति तस्य बुद्धिः स्थिरा भवति। बाहुः कार्यक्षेत्रस्य प्रतीकोऽस्ति। भगवान् महाबाहुः एवम् आजानुबाहुः उदीर्यते। स हस्तपादयोः विनैव सर्वत्र कार्यं करोति। तस्मिन् भगवती यहा प्रविश्यति अथवा तस्मिन् भगवती अग्रेसरोऽस्ति सोऽपि महाबाहुः कथ्यते। श्रीकृष्णार्जुनावुभौ महाबाहू कथ्येते।
या निशा सर्वभूतानां तस्यां जागर्ति संयमी, यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनि।
सर्वेषां प्राणिनां कृते स परमात्मा रात्रितुल्योऽस्ति। कुतो हि न स दृष्टिपथम् आयाति, न च विचारः कार्यं करोति। अत एव रात्रिसदृशोऽस्ति। तस्यां रात्रौ परमात्मनि संयमी पुरुषः सम्यक् पश्यति, चलति, जागर्ति। कुतो हि तत्र तस्य ग्राहकता शक्तिः अस्ति। योगिन इन्द्रियाणां संयमद्वारेण तस्मिन् प्रवेशं लभन्ते। येषां नश्वराणां सांसारिकसुखभोगानां सर्वे प्राणिनः रात्रिं दिवं परिश्रमं विदधति, योगिनां कृते सैव निशास्ति। रमाविलासु राम अनुरागी तजत बमन जिमि जनबडभागी इति रामचरितमानसम्। यो योगी जनः परमार्थपदे सर्वदा सावधानः, भौतिककामनाभ्यश्च सर्वथा निःस्पृहः भवति, सैव तस्मिन् निष्ठे प्रविशति। स निवसति तु संसारे, किन्तु तदुपरि संसारस्य प्रभावः निष्फलः। महापुरुषस्य एतस्याः दिनचर्यायाः चित्रणं पश्यन्तु।
पूर्यमाणमचल प्रतिष्ठं समुद्रमाप प्रविशन्ति यद्वत् तद्वत् कामायं प्रविशन्ति सर्वे सशान्तिमाप्नोति न कामकामी।
येन प्रकारेण परिपूर्णम् अचल प्रतिष्ठं सागरं सर्वाभ्यः दिग्भ्यः समागताः नद्यः सागरं चलायमानं कर्तुम् अशक्ताः परं तस्मिन्नेव सागरे भवन्ति विलीनाः। तद्वत् परमात्मनि स्थितस्य स्थितप्रज्ञपुरुषस्यान्तराले सर्वे भोगाः विकारम् अनुत्पादयन् एव समाहिताः भवन्ति। एवं दृशः पुरुषः परमशान्तिम् आसादयति, न तु भोगेच्छुः। भयङ्करवेगेन प्रवहन्त्यः सहस्राधिकाः नद्यः स्वप्रबलधारया शस्यं विनाशयन्त्यः, जीवान् नाशयन्त्यः, नगराणि निमज्जयन्त्यः, हाहाकारं कुर्वन्त्यः, महता जवेन सागरे पतन्ति। किन्तु समुद्रम् अङ्गुलिमात्रम् अपि उपरिष्टात् कर्तुं न शक्नुवन्ति, न विचालयन्ति, प्रत्युत तस्मिन् एव सागरे विलीनाः भवन्ति। तद्वत् स्थितप्रज्ञस्य पुरुषस्य कृते सर्वे भोगाः बहुवेगेन आयान्ति, किन्तु तत्रैव समाहिताः भवन्ति। तेषु पुरुषेषु भोगाः न तु शुभसंस्कारं स्थापयितुं सक्षमा भवन्ति। योगिनां कर्माणि अशुक्लानि अकृष्णानि च भवन्ति। कुतो हि यस्मिन् चित्ते संस्काराः सन्निपतन्ति तस्य निरोधः विलीनीकरणञ्च जातम्। अनेनैव स भगवत्तायाः स्थितिं प्रादुर्भूतः। साम्प्रतं संस्काराः स्वप्रभावं क्वकुर्युः? अस्मिन्नेकस्मिन्नेव श्लोके श्रीकृष्णः अर्जुनस्य नैकेषां प्रश्नानां समाधानञ्चकार। तस्य जिज्ञासासीत् यत् स्थितप्रज्ञस्य महापुरुषलक्षणं किम् अस्ति, सः कथं वदति, कथं तिष्ठति, कथं चलति। श्रीकृष्णेन एकेन एव शब्देनोत्तरितं यत्ते समुद्रसदृशाः भवन्ति, तेषां कृते विधिनिषेधौ न जायेते। यदित्थं तिष्ठ, इत्थं चल इति। त एव परमशान्तिं गच्छन्ति, कुतो हि ते संयमिनः सन्ति। भोगकामनावन्तः शान्तिं न प्राप्नुवन्ति। अत उपरि पुनः उपदिशति,
विहाय कामान्य सर्वान् पुमांश्चरति निःस्पृहः, निर्ममो निरहङ्कारः सशान्तिमधिगच्छति।
यः पुरुषः सम्पूर्णान् कामान् परित्यज्य निर्ममः, नाम ममताभावम् अहङ्कारवृत्तिञ्च अधारयन् स्पृहाविनिर्मुक्तम् आचरणं करोति, स तां परमशान्तिं लभते, यस्य पश्चात् किमपि लब्धुं नावशिष्यते।
एषा ब्राह्मी स्थितिः पार्थ, नैनां प्राप्य विमुह्यति, स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।
पार्थ, उपर्युक्ता स्थितिः प्राप्त ब्रह्मणः पुरुषस्य स्थितिः। समुद्रवत् तेषु पुरुषेषु विषयाः नदीव समाहिताः भवन्ति। ते पूर्णसंयमिनः प्रत्यक्षतश्च परमात्मदर्शिनः सन्ति। केवलम् अहं ब्रह्मास्मि पठनेन रटनेन च नायं स्थितिर्मिलति। साधनद्वारेणैव अस्य ब्रह्मणः स्थितिं प्राप्तं कर्तुं शक्यते। एतादृशो महापुरुषो ब्रह्मनिष्ठायां स्थितस्सन् अन्तकालेऽपि ब्रह्मानन्दं समवाप्नोति। निष्कर्षः, प्रायः केचन जनाः कथयन्ति यत् द्वितीयाध्याये गीता पूर्णतां गता, किन्तु यदि केवलं कर्मनामोच्चारणेनैव कर्मपूर्तिः स्यात् तदा गीतायाः समापनं स्वीकर्तुं शक्यम्। अस्मिन् अध्याये योगेश्वरः श्रीकृष्णः एतदेवोक्तवान् यत् अर्जुन निष्कामकर्मयोगस्य विषये शृणु, यत् ज्ञात्वा त्वं संसारबन्धनान् मुक्तो भविष्यसि। कर्मविधाने तवाधिकारः अस्ति, फलप्राप्तौ न कदापि। कर्मविधाने तव अश्रद्धापि नोदयेत्। निरन्तरं कर्म कर्तुं तत्परो भव। अस्य परिणामे परं दृष्ट्वा परमपुरुषस्य दर्शनं कृत्वा स्थितप्रज्ञो भविष्यसि, परमशान्तिं च प्राप्स्यसि। किन्तु नैतदुक्तं श्रीकृष्णेन किं नाम कर्मत्वम्? अयमध्यायः साङ्ख्ययोगनामको नास्ति। इदन्नाम शास्त्रकाराणां न हि प्रत्युत टीकाकाराणां मतमस्ति। ते स्वबुद्ध्यनुसारेण तात्पर्यग्रहणं कुर्वन्ति, तत्र किमाश्चर्यम्? अस्मिन् अध्याये कर्मणः गरिमां, कर्मविधानस्य सावधानीन्, स्थितप्रज्ञस्य च लक्षणम् उक्त्वा श्रीकृष्णः अर्जुनस्य मनसि कर्मप्रत्युत्कण्ठाम् अजागरीत्। तस्मै केचन प्रश्नान् दत्तवान्। आत्मा शाश्वतः सनातनश्चास्ति, तं ज्ञात्वा तत्त्वदर्शी भव। अस्य प्राप्तेः साधनद्वयं वर्तते, ज्ञानयोगः निष्कामकर्मयोगः च। स्वशक्तिं ज्ञात्वा हानिलाभयोः स्वयं निर्णयं कृत्वा कर्मणि प्रवृत्तिः ज्ञानमार्गः अस्ति। तथेष्टोपरि निर्भरो भूत्वा ससमर्पणं, तस्मिन्नेव कर्मणि प्रवृत्तिः, निष्कामकर्ममार्गः, भक्तिमार्गः च। गोस्वामी तुलसीदासेन उभययोः चित्रणम् इत्थं कृतम्। मोरे प्रौढतनयसमज्ञानी, बालकसुतसमदास अमानी, जनहि मोरबलनिजबलताहि, दुःखः काम क्रोध रिपु आहि, इति रामचरितमानसम्। मम भक्तौ द्विविधौ स्तः, एको ज्ञानमार्गी, अपरो भक्तिमार्गी च। निष्काममः कर्ममार्गी, भक्तिमार्गी वा शरणागतो भूत्वा ममाश्रयं गृहीत्वा चलति। ज्ञानयोगी स्वशक्तिं पुरतः संस्थाप्य स्वलाभालाभयोः विचारं कृत्वा आत्मबलेन चलति। यदा हि उभयोः शत्रुः एकैवास्ति, ज्ञानमार्गिणः कृते कामक्रोधादिशत्रूणामुपरि विजयप्राप्तिः अनिवार्या। निष्कामकर्मयोगिनाञ्च कृते एभिः साकं युद्धं करणीयं भवति। कामनानां त्यागम् उभौ कुरुतः। उभयोः मार्गयोः क्रियमाणं कर्मापि एकमेवास्ति। योगीश्वरः कथितवान्, अस्य कर्मणः परिणामे परमशान्तिं प्राप्स्यसि। किन्तु नैतत् कथितवान् यत् किमस्ति कर्म, साम्प्रतं भवतः समक्षमपि कर्म एकः प्रश्नः अस्ति। अर्जुनस्यापि मानसे कर्मप्रतिजिज्ञासा प्रादुर्भूता। तृतीयाध्यायस्य आरम्भे हि स कृष्णं प्रतिकर्मविषयकं प्रश्नं प्रस्तौति। अतः ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मजिज्ञासा नाम द्वितीयोऽध्यायः। इति श्रीमत्परमहंसपरमानन्दस्य शिष्यस्वामी अडगडानन्दकृते श्रीमद्भगवद्गीतायाः यथार्थगीताभाष्ये कर्मजिज्ञासा नाम द्वितीयोऽध्यायः। हरिः ॐ तत्सत्।